तर्हि सर्वेषां नमस्कारः. गतवर्गे तु पुनरावर्तनम् इति जातमासीत् पृष्ठसङ्ख्या 35 इति पर्यन्तं, ततः किञ्चित् अग्रे सरेम. तस्मात् प्राक् ज्ञानस्य विषये वयं किञ्चित् दृष्टवन्तः. तत्र ज्ञानम् इति सविषयकपदार्थः अथवा विषयी इति उच्यते, यतोहि ज्ञानस्य विषयः अस्ति इति कृत्वा ज्ञानं विषयी. ज्ञाने विषयिता इति अस्ति कश्चन धर्मः, अपि च विषये विषयता इति कश्चन धर्मः अस्ति इति एतत् सर्वं दृष्टवन्तः. भूतलं घटवत् इत्यत्र भूतलम् इति विशेष्यं, घटः विशेषणम्, अपि च तयोः मध्ये संयोगः इति अस्ति इति कृत्वा त्रयः विषयाः. त्रयः विषयाः इति चेत् तिस्रः विषयताः अपि यत् सन्ति इति वयं दृष्टवन्तः. भूतले विद्यमानविषयतायाः नाम अस्ति विशेष्यता, अपि च घटे विद्यमानायाः विषये इत्युक्ते विशेषणे विद्यमानविशेषतायाः नाम प्रकारता, अपि च संयोगः इति सम्बन्धे विषयतायाः नाम संसर्गता इति वयं सर्वं दृष्टवन्तः. अपि च इमाः विषयताः न समानाधिकरणाः, इत्युक्ते समानाधिकरणे न वर्तन्ते इति. यतोहि प्रकारता इति घटे वर्तते, अपि च विशेष्यता इति विशेषे भूतले वर्तते, अपि च संसर्गता इति संयोगे वर्तते इति सर्वं दृष्टवन्तः. अद्य ज्ञाने विषयिता इति यदस्ति तस्य विषये किञ्चित् पठेम इति. तर्हि विद्या भगिनी, अत्र एतद् उदाहरामः इति 35 पृष्ठे अस्ति, पठति वा किञ्चित्?
पञ्चत्रिंशत्तमे पुटे कुत्र अस्ति? अस्तु अस्तु, अत्र एतद् उदाहरामः.
सर्वे प्राप्तवन्तः वा? प्रथमपरिच्छेदं त्यक्त्वा
अत्र एतद् उदाहरामः. करदीपं प्रज्वलय्य तस्य पुरतः अङ्गुष्ठवर्जम् अङ्गुलीचतुष्टयं प्रसारयामश्चेत् तिस्रः अर्चयः निर्गच्छन्ति. तासु उपरितना अर्चिः घटे आपतति, सा प्रकारता. मध्यमा संयोगगता संसर्गता, निम्ना भूतलगता विशेष्यता इति भवेत्. एवञ्च प्रकारतादीनां सामानाधिकरण्यं समर्थितं भवति. पर अग्रेपि पठामि वा?
एतावद् भगिनि, कृपया.
एतावत् अस्तु. अत्र उदाहरणरूपेण इदानीमेव भवती उक्तवती अत्र त्रयः विषयाः सन्ति, तत्र सामानाधिकरण्यं नास्ति इति. परन्तु अत्र सामानाधिकरण्यम् अत्र उदाहरणरूपेण प्रदर्श्यते. अत्र एकं करदीपम् अस्ति, करदीपतः किरणाः आगच्छन्ति. तत्र अत्र त्रयः विषयाः सन्ति. उपरितन किरणः करदीपात् किरणः घटस्य उपरि पतति, अनन्तरं मध्यमकिरणः भूतलस्य उपरि, न मध्यमकिरण सम्बन्धस्य उपरि पश्यति. अत्र सम्बन्धः अस्ति संयोगता इति, संयोगः घटः अपि भूतलं द्वयोः संयोगसम्बन्धः अस्ति. द्वितीयः किरणः सम्बन्धस्य उपरि पतति, अपि च तृतीयः किरणः अत्र भूतले पतति. अत्र प्रथमकिरण घटे प्रकारता अस्ति इति जानीमः, सम्बन्धे संयोगसम्बन्धे संसर्गता अस्ति इति अपि जानीमः, भूतले विशेष्यता अस्ति. एवं च प्रकारतादीनां सामानाधिकरण्यं समर्थितं भवति, यतोहि अत्र किरणाः करदीपात् एव आगच्छन्ति. अतः तत्र किरण अत्र करदीपमेव ज्ञानस्य ज्ञानम् इति चिन्तयामः चेत् ज्ञानस्य स्थलं, तत्र त्रयः विषयाः अपि एकत्र इति वा?
हा हा, किञ्चित् अत्र भेदः अस्ति भगिनि. भवती यदुक्तवती तत् सर्वं समीचीनम्. एकं किरणं त्रिधा विभज्य, अङ्गुलिं स्थापयित्वा त्रिधा विभज्य पश्यामश्चेत् एकः किरणः प्रकारता अथवा एका अर्चि प्रकारता, अपरा संसर्गता, अन्या अर्चिः अस्ति विशेषता इति सत्यम्। अन्तिमवाक्यं पठतु इतोपि एकवारम्। एवं च
प्रकारतादीनां समानाधिकरण्यं समर्थितं।
हा, तदर्थं प्रायः भ्रमा जाता। प्रकारतादीनाम् असमानाधिकरण्यम्।
अस्तु। एवञ्च प्रकारादीनाम् असमानाधिकरण्यं समर्थितं भवति। ओ अस्तु अस्तु। ओ तर्हि समानाधिकरण्यं, यतोहि त्रयः किरणाः सन्ति, अतः अत्र समानाधिकरण्यं प्राप्तुं न शक्नुमः।
त्रयः किरणाः कुत्र पतति इति भवती उक्तवती खलु, कुत्र कुत्र पतन्ति किरणाः?
विषयस्य उपरि, अत्र त्रयः विषयाः, अतः विषयस्य त्रयः विषयाः, अत्र विषयस्य उपरि किरणाः पतन्ति, अतः अत्र समानाधिकरण्यं नास्ति
इति कृत्वा। कुतः कुतः किरणाः आगच्छन्ति इति विषयः न, कुत्र पतन्ति इति विषयः। ज्ञानात् ज्ञानात् या प्रभा आगच्छति सा प्रभा कुत्र पतति इति द्रष्टव्यं। यत्र पतति सः विषयः, अपि च सा प्रभा विषयता इति उच्यते। विषयताः त्रिधाः खलु, तर्हि स्थलेषु पतन्ति।
परन्तु भगिनी, अत्र यदि वयम् अत्र विषयं स्वीकृत्य तत्र समानाधिकरण्यं साधयितुम् इच्छामः चेत् तत्र समानाधिकरण्यं नास्ति इति स्पष्टमस्ति, परन्तु अत्र ज्ञानस्थले तु समानाधिकरण्यम् अस्ति खलु, त्रयाणां विषयाणामपि
इति अग्रिमविषयः। भवती यद् पठितवती तत् कुत्र पतन्ति इति, परन्तु अग्रे इतोपि एका उपमा दीयते ज्ञानस्य विषये प्रतिपादयितुम् इति।
अस्तु 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 भगिनि,
अस्तु अग्रे गच्छेम। रविमहोदय अग्रे पठति वा?
परन्तु तेषां भूतलादीनां त्रयाणां प्रतिबिम्बाः करदीपान् अन्तर्गतकाचे दृश्यन्ते। ते तु एकत्रैव भवन्ति, यथा हि घटप्रतिबिम्बः काचे भवति तथा संयोगप्रतिबिम्बः तत्रैव, एवं भूतलप्रतिबिम्बौ प्रतिबिम्बः अपि एषः प्रतिबिम्बः एव ज्ञाननिष्ठः विषयसम्बन्धः विषयिता इति उच्यते। अत्रापि विषयत्वम् इति सामान्या संज्ञा, प्रकारिता संसर्गिता विशेष्यता इति च विशेषरूपाः। एते प्रतिबिम्बाः न प्रकारत्वादित्वत् परस्परम् असमानाधिकरणाः, किन्तु ज्ञानैकनिष्ठाः।
महोदय तावत् प्रायः।
परन्तु तेषां भूतलादीनां त्रयाणां ये प्रतिबिम्बाः कर्दीपान्तर्गत काचे दृश्यन्ते, ते तु एकत्रैव भवन्ति।
तस्य अर्थः कः? सहायम् आवश्यकं वा अथवा किम्? अस्तु, मेहुल महोदय कृपया।
आं भगिनि, तत्र भूतल आदि इत्युक्ते भूतल घट अपि च संयोग त्रयाणां यदि प्रतिबिम्बाः वयं करदीपस्य अन्तर्गत एक काचः अस्ति, तत्र काचे यदि त्रयाणां प्रतिबिम्बाः यदि वयं दृश्यन्ते तत्र त्रयाः प्रतिबिम्बाः एकत्रैव भवन्ति, तत्र काचे भवन्ति यथा हि तत्र घटप्रतिबिम्ब काचे भवति, अपि च संयोगप्रतिबिम्बः अपि तत्रैव भवति, अपि च भूतलप्रतिबिम्बः अपि तत्रैव भवति।
एकनिमिषः, रविमहोदय अवगतवान् वा?
कथं काचे प्रतिबिम्बः तत्र भवति
इत्युक्ते, करदीपः अस्ति खलु चित्रे, करदीपः ज्ञानम् इति, अस्तु अस्माकं ज्ञानस्य विषयः भूतलं घटवत् इति, खलु? विद्याभगिनी यथा उक्तवती भूतलं घटवत् इति चेत् तत्र त्रयः विषयाः सन्ति, एकः विषयः भूतलम्, अपरः विषयः घटः, अपरः विषयः तयोः मध्ये संयोगः इति. तर्हि ज्ञानात् अथवा करदीपात् किरणाः ये गच्छन्ति त्रिषु स्थलेषु पतन्ति, अस्तु? परन्तु करदीपः ज्ञानम् इति अस्ति, खलु? करदीपस्य अन्ते काचः इति अस्ति. काचः इत्युक्ते ग्लास्, किल? ग्लास्, ग्लास् मध्ये प्रतिबिम्बः पतति. कस्य प्रतिबिम्बः इत्युक्ते भूतलस्य घटस्य प्रतिबिम्बः, अपि च संयोगः इति अपि दृश्यते तत्र, अस्तु? इत्येव उक्तं, भूतलादीनां त्रयाणां प्रतिबिम्बाः करदीपान्तर्गतकाचे पतन्ति इति. बुद्धं वा? तर्हि ये प्रतिबिम्बाः काचे भवन्ति, अस्तु, द्वितीयवाक्यं प्रतिपादयतु मेहुल महोदय.
अत्र एषः प्रतिबिम्बः एव ज्ञाननिष्ठः विषयसम्बन्धः विषयिता इत्युच्यते. अत्र त्रयाणां प्रतिबिम्बानां काचे वयं द्रष्टुं शक्नुमः, अतः काचे इत्युक्ते ज्ञानं, तत्र ज्ञाने सर्वे प्रतिबिम्बाः सन्ति भवन्ति, अतः ज्ञाननिष्ठप्रतिबिम्बः. विषयसम्बन्धः विषयिता इत्युच्यते, ज्ञाननिष्ठः इत्युक्ते ज्ञानविषयसम्बन्धेन त्रयाणां प्रतिबिम्बानां भवन्ति, विषयसम्बन्धे ज्ञान प्रतिबिम्बे अस्ति. अतः तत्र त्रयाणां प्रभायाः नाम अपि विषयिता इति अस्ति. ज्ञाने
इत्युक्ते एषः प्रतिबिम्बः एव ज्ञाननिष्ठः, यः प्रतिबिम्बः ज्ञाने वर्तते, नाम विषयत्रयं ज्ञाने वर्तते इति वक्तुं शक्नुमः. विषयः ज्ञाने केन सम्बन्धेन वर्तते?
विषयः ज्ञाने विषयिता इति सम्बन्धेन वर्तते.
ज्ञाने विषयिता सम्बन्धेन वर्तते, खलु? तर्हि तदेव उक्तम्, एषः प्रतिबिम्बः ज्ञाननिष्ठविषयसम्बन्धः. विषयसम्बन्धः कः इति चेत् विषयिता इति सम्बन्धः.
विषयसम्बन्धस्य नाम विषयिता.
सत्यम्. अग्रे पठतु. अत्रापि
अत्रापि विषयित्वम् इति सामान्या संज्ञा. अत्र त्रयाणां प्रतिबिम्बाः काचे भवन्ति, परन्तु त्रयाणां विषयित्वा विषयितायाः नाम एकम् अस्ति, सामान्यनामं विषयित्वम् इति. परन्तु विशेषिता, तस्य नाम विशेषरूपाः नाम अस्ति विषयितायाः त्रीणि सन्ति, तत्र तस्याः नाम प्रकारिता, संसर्गिता, विशेषिता इति वयं पूर्वे अपि दृष्टवन्तः.
हा, सत्यं. यथा विषयता त्रयं तत्र दृष्टवन्तः, तद्वद् विषयिता त्रयं, विषयित्वम् अथवा विषयिता. ता विषयिता इत्यत्र तल् इति प्रत्ययः, भाववाचकः. विषयि इति ज्ञानं, तस्मिन् विषयिता. समानार्थकप्रत्ययः त्व इति, ज्ञानं विषयि, तस्मिन् विषयित्व इति धर्मः अथवा भावः अस्ति इति वक्तुं शक्नुमः, अस्तु? अपि च तिस्रः पुनः, प्रकारिता, संसर्गिता, विशेषिता इति. अस्तु, अग्रिमवाक्यं महोदय.
अग्रिमम्, एते प्रतिबिम्बाः न प्रकारत्वादिवत् परस्परम् असमानाधिकरणाः, किन्तु ज्ञानैकनिष्ठः. त्रयाणां प्रतिबिम्बाः प्रकारत्वात् अधिवत् नास्ति, प्रकारिता, संसर्गिता, विशेषिता इति त्रयः प्रभाः सन्ति, परन्तु प्रतिबिम्बाः तावत् न भवति. किमर्थमित्युक्ते परस्परम् असमानाधिकरणाः, तत्र त्रयाणां प्रतिबिम्बाः तत्र समानाधिकरणः नास्ति.
अत्र किम् उक्तम्? एते प्रतिबिम्बाः. प्रतिबिम्बाः के अत्र?
प्रतिबिम्बाः भूतलप्रतिबिम्ब अपि च घटस्य प्रतिबिम्ब अपि च संयोगस्य प्रतिबिम्बः.
हा, सर्वे कुत्र सन्ति?
सर्वे ज्ञाने सन्ति, इत्युक्ते काचे सन्ति अथवा करदीपे सन्ति.
करदीपे, करदीपस्य काचे पतन्ति, ज्ञाने पतन्ति इति. तर्हि किम् उक्तम् अत्र? एते प्रतिबिम्बाः न
प्रकार,
हा, न प्रकारत्वादिवत् परस्परम् असमानाधिकरणाः इत्युक्ते किम्?
इत्युक्ते प्रकार, प्रकारिता, संसर्गिता, विशेषिता, ये सर्वे असमानाधिकरणाः सन्ति, परन्तु प्रतिबिम्बाः एक एव अधिकरणे पतन्ति, इत्युक्ते ज्ञाने पतन्ति. अतः ज्ञाने
हा, तत्र परिष्कारः अपेक्षितः. प्रतिबिम्बाः के इति दृष्टवन्तः. एते प्रतिबिम्बः, प्रतिबिम्बाः वस्तुतः ज्ञाननिष्ठविषयसम्बन्धाः. ज्ञाननिष्ठविषयसम्बन्धाः इत्युक्ते प्रकारिता, संसर्गिता, विशेषिता इति चिन्तयतु. इति त्रय, एते प्रतिबिम्बाः सर्वे एकत्र सन्ति. कुत्र? ज्ञाने, करदीपान्तर्गत काचे इति. तर्हि प्रतिबिम्बाः एकत्र सन्ति न वा?
प्रतिबिम्बाः एकत्र सन्ति.
हा, प्रतिबिम्बाः इत्युक्ते प्रकारिता, संसर्गिता, विशेषिता एकत्र सन्ति. अपि च प्रतिबिम्बाः एकत्र सन्ति इत्युक्ते समानाधिकरणाः सन्ति न वा?
आम् सन्ति.
समानाधिकरणाः सन्ति. अत्र वाक्ये तदेव प्रकटीकृतम्. एते प्रतिबिम्बाः न प्रकारत्वादिवत्. प्रकारत्वम् अथवा प्रकारता इति उक्तम् अत्र, खलु? प्रकारत्वादिवत् इत्युक्ते किम्?
नानाविभागाः सन्ति, इत्युक्ते भिन्नः भिन्नः सन्ति वा इति.
महोदय,
प्रकार,
हा, विषय, विषयताः के के आसन्?
विषयताः प्रकारिता, संसर्गिता, विशेषिता
इति. विषयिता, अहं तु विषयता इति पृच्छामि.
विषयता इति घट संयोगः अपि च भूतलम्
इति विषयाः.
आम्,
हा, तेषु विषयता अस्ति खलु, तर्हि विषयताः कः?
विषयता कः?
अस्तु, घटे का विषयता वर्तते?
घटत्वं.
घटत्वमिति जातिः. अधुना विद्या भगिनी यत् पठितवती,
विषयता, प्रकारता,
प्रकारता इति घटे. पुनः संयोगे,
संयोगे संसर्गता.
संसर्गता. भूतले,
भूतले विशेष्यता.
विशेष्यता इति तिस्रः प्रकारता, तिस्रः विषयताः.
आम् आम्.
विषयता इति अपि वक्तुं शक्यते अथवा विषयत्वम् इति अपि वक्तुं शक्यते, खलु? विषयता इत्यत्र तल् प्रत्ययः, विषयत्वम् इत्यत्र त्व इति प्रत्ययः, खलु? तर्हि अत्र किम् उक्तम्? एते प्रतिबिम्बाः. एते प्रतिबिम्बाः के?
घटस्य प्रतिबिम्बः, घटप्रतिबिम्ब, संयोगप्रतिबिम्ब, अपि च भूतलप्रतिबिम्ब.
इत्युक्ते प्रकारिता, संसर्गिता, विशेषिता. उत्तमं वा? हा, एते प्रतिबिम्बाः इत्युक्ते प्रकारिता, संसर्गिता, विशेषिता न प्रकारत्वादिवत्. प्रकारत्वम् इत्युक्ते प्रकारता.
आमामां, विषयत्वात् विषय, त्रयविषयः अस्ति तत्र, प्रकारि, प्रकारता, संसर्गता, अपि च विशेष्यता. त्रीणि विषयाः सन्ति, ते तावत् प्रतिबिम्बाः नास्ति.
हा, तत्र प्रकारता, विशेष्यता, संसर्गता अथवा प्रकारत्वं, संसर्गत्वं, विशेष्यत्वं, तत्र समानाधिकरणाः आसन् वा असमानाधिकरणाः आसन् वा?
तत् समाधे विषयता, समाधिकरणाः सन्ति, इत्युक्ते ते सर्वे ज्ञानी तिष्ठन्ति, अपि च अथवा करदीपे तिष्ठन्ति.
अस्तु, पुनः किञ्चित् वक्तव्यम् अस्तु. विद्या भगिनी पुनः किञ्चित् प्रतिपादयतु. त प्रकारता संसर्गता विशेषता कुत्र भवन्ति इति?
अत्र एकमस्ति ज्ञानम्, अपि च त्रयः विषयाः, घटः, भूतलम् अपि च सम्बन्धः. अत्र घटस्य नामकरणम् अस्ति प्रकारता इति विषयः, घटे प्रकारता अस्ति, भूतले विशेष्यता अस्ति, अपि च संयोगसम्बन्धे संसर्गता अस्ति.
तर्हि तिस्रः विषयताः मेहुल् महोदय अवगच्छति वा? तिस्रः विषयताः अथवा त्रीणि विषयत्वानि इति अपि वक्तुं शक्यते, त्वप्रत्ययं योजयित्वा. अस्तु भगिनि, विषयताः कुत्र कुत्र सन्ति?
विषयता ज्ञानस्य अपि च विषयस्य सम्बन्ध, विषयता सम्बन्धः. इदानीं विषयिता इति पृच्छति खलु भगिनि?
न, विषयता विषये वदतु. विषयता कुत्र कुत्र सन्ति इति उक्तवती खलु?
विषयता घटे अस्ति, भूतले अस्ति, अपि च संयोगसम्बन्धे अपि अस्ति विषयता.
इति भिन्नभिन्नविषयताः तिस्रः. तर्हि ते ताः सर्वे समानाधिकरणाः वा?
ताः सर्वे समानाधिकरणाः न सन्ति,
यतोहि
असमानाधिकरणाः, यतोहि अत्र तिस्रः तत्र त्रयः विषयाः, तिस्रः सम्बन्धाः, अत्र भिन्नभिन्नविषयाः इति कृत्वा तत्र समानाधिकरण्यं साधयितुं न शक्नुमः.
समीचीनं भगिनि. महिलामहोदय अधुना अवगतवान्?
आमां, तिस्रः विषयत्वं घटे अस्ति, अपि च भूतले अस्ति, संयोगे अस्ति, अतः समानाधिकरणे नास्ति.
हा, प्रकार तदर्थमेव पूर्वस्मिन् पृष्ठे पश्यतु, अन्तिमवाक्यमासीत् खलु, प्रकारतादीनां सामानाधिकरण्यम् असमानाधिकरण्यं समर्थितं भवति इति. प्रकारतादीनाम् इत्युक्ते प्रकारता, संसर्गता, विशेष्यता इत्येषाम् असमानाधिकरण्यं समर्थितं भवति इति भगिनी अपि अधुना प्रतिपादितवती, त्रिषु स्थलेषु पतन्ति इति, प्रकारता, संसर्गता, विशेषता खलु. अस्तु, परन्तु अत्र भवान् यत् पठितवान् अथवा रविमहोदय यत् पठितवान् तत्र वार्ता का इति चेत् एवं कुर्वन्तु, पृष्ठसङ्ख्या 33 इति त्रयस्त्रिंशत्तमपृष्ठं पश्यन्तु. 33 इत्यस्मिन् एकं चित्रमस्ति किल? चित्रे तत्र किम् उक्तं? यथा करदीपः आसीत् तद्वत् दीपः अस्ति, दीपः इति ज्ञानं, ज्ञानात् प्रभात्रयं वर्तते, प्रभात्रयं घटस्य उपरि वर्तते, अपि एका प्रभा घटे वर्तते, अपरा प्रभा संयोगे वर्तते, अपरा प्रभा भूतले वर्तते. तासां नामकरणम् आसीत् प्रकारता, संसर्गता, विशेष्यता खलु. अधुना पुनः 35 पृष्ठे तदेव प्रदर्शितं भिन्नरीत्या तावदेव. करदीपम् इति उपयुज्य करदीपात् उपरितना अर्ची प्रकारता, मध्यमा अर्ची संसर्गता, निम्ना या अर्ची सा विशेषता. उद्दं वा? भवान् यद् उक्तवान्, भवता यत् पठितं तत्तु विषयिता इत्यस्य विषये. विषयिताः कुत्र वर्तन्ते?
हा,
रविमहोदय समीचीनं, विषयिताः ज्ञाने वर्तन्ते. अस्तु रविमहोदय, विषयितानां नाम किं, नामानि कानि?
प्रकारिता, संसर्गिता च, विशेष्यता.
विशेष्यता इति नामानि कस्य? विषयितायाः, विषयितानाम्. अस्तु, प्रकारिता, संसर्गिता, विशेष्यता सर्वाः कुत्र वर्तन्ते पुनः रविमहोदय? ज्ञाने वर्तन्ते इति कृत्वा ताः असमानाधिकरणाः वा अथवा समानाधिकरणाः वा?
समानाधिकरणा.
हा, बहु समीचीनम् इति एव वार्ता. मेहुलमहोदय अवगतं वा?
आं महोदय, प्रकारस्य तत्र न प्रकारत्वादिवत् प्रकारत्वादिवत् इत्युक्ते प्रकारिता संसर्गिता विशेषिता
न पुनः सः एव भ्रमः स्यात् इत्युक्ते स्थूलरीत्या भवन्तः अवगच्छन्ति इति जानामि. वाक्यगतार्थं किञ्चित् परिशीलयामः. एते प्रतिबिम्बाः, एते प्रतिबिम्बाः के?
प्रतिबिम्बः घटप्रतिबिम्ब, संयोगप्रतिबिम्ब, भूतलप्रतिबिम्ब.
हा, इति यद्यपि उक्तं तत्र प्रतिबिम्बाः इति विषयितात्रयं, प्रकारिता, संसर्गिता, विशेषिता.
प्रकारत्वम् इत्युक्ते विषयत्वं.
एते प्रतिबिम्बाः, अत्र पश्यतु, एते प्रतिबिम्बाः, कोमा, कोमा स्थापयतु. न प्रकारत्वादिवत्, प्रकारत्वम् इत्युक्ते प्रकारता. प्रकारतादि इत्युक्ते?
प्रकारतादि इत्युक्ते विषयत्वं, त्रीणि विषयत्वं, प्रकारत्व, प्रकारत, संसर्गित, विशेष्यत.
विशेष्यत इति विषयताः, यद् भूतले, घटे, अपि च संयोगे पतति, तद् प्रकारत्वं, संसर्गत्वं, विशेष्यत्वम् इति सूचयति. प्रकारत्वादिवत् इत्युक्ते तिस्रः विषयताः. अधुना पठति चेत् एते प्रतिबिम्बाः इत्युक्ते उपरि अस्ति खलु स्थूलाक्षर, प्रकारिता,
संसर्गिता, विशेषिता.
एते तिस्रः न प्रकारत्वादिवत् असमानाधिकरणाः. तावदवगच्छति?
ते सर्वे समाधिकरणाः अस्ति, अतः प्रकारित्वादिवत् नास्ति.
प्रकारत्वं, विशेष्यत्वम्, अपि च संसर्गत्वम् इतिवत् असमानाधिकरणाः न, परन्तु समानाधिकरणाः.
ज्ञानैकनिष्ठा, ते सर्वे ज्ञाने तिष्ठन्ति, अतः समानाधिकरणाः सन्ति.
हा, ज्ञानैकनिष्ठाः काः?
प्रकारिता, संसर्गिता, अपि च विशेषिता.
हा, बहु समीचीनम्, समीचीनमस्ति. रवि महोदय, बुद्धं वा भवता अपि? अस्तु, तर्हि एते त्रयाः, एताः त्रयाः, तिस्रः असमानाधिकरणाः न, अपि च समानाधिकरणाः इति आगच्छति. समीचीनम्, अस्तु. किमर्थं चेत् ज्ञानैकनिष्ठाः, ज्ञाने एव तिष्ठन्ति इति. तर्हि
भगिनी, मम एकः प्रश्नः अस्ति भगिनि. अत्र न्यायशास्त्रपुस्तके सर्वत्र यत्र यत्र न इति आगच्छति, अत्र न प्रकारत्वादिवत्, अत्र न इत्यस्य अन्वयः कुत्र कुत्र भवति इति किञ्चित् नियमः अस्ति वा, सामान्यनियमः?
सामान्यनियमः अत्र नास्ति भगिनि. अग्रे गत्वा मतम् इति आगच्छति, सिद्धान्तिनां मतम्, अन्यत् किमपि आगच्छति, न च वाच्यम् इत्यादिकं वदति. तर्हि आरम्भे यद् न इति अस्ति, तस्य अन्वयः अन्ते, वाक्यस्य अन्ते यदस्ति तत्र पर्यन्तं गच्छति इति.
परन्तु अत्र न, यस्य 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 पुरतः न इति अस्ति, त न इति पदस्य अनन्तरं यत् पदम् अस्ति तेन सह अन्वयः वा? इदानीम् अत्र न प्रकारत्वादिवत् इत्युक्ते अत्र न प्रकारत्वं, न विशेष्यत्वं, न संसर्गत्वम् इति.
सत्यम्, अत्र तु तथैव अस्ति.
अस्तु, अस्तु.
अनन्तरं यत्किमपि चिन्तयितुं शक्नुमः इति चिन्तयतु, कुत्रचिदपि स्थापयतु नकारं, तादृश एव अर्थः अत्र भवति इति मम भाति. यतोहि पूर्वस्मिन् वाक्ये तु प्रतिबिम्बानां विषये उक्तवन्तः, तर्हि एते प्रतिबिम्बाः, एते प्रतिबिम्बाः कीदृशाः? न प्रकारत्वादिवत् असमानाधिकरणाः. किमर्थं? ज्ञानैकनिष्ठाः, तदर्थम् इत्येव.
अस्तु, अस्तु भगिनि, धन्यवादः.
अस्तु, अग्रे सरला भगिनि.
आं भगिनि, आधार आधेय आदि भावस्थले यथा आधेयता अधिकरणतयोः निरूप्य निरूपकभाव तथा विषयता विषयित्यो अपि ज्ञातव्यः तथा च भूतलं घटवत् इति ज्ञानस्य घटनिष्ठप्रकारता निरूपितप्रकारिता आश्रय संयोगनिष्ठसंस्कर संस्कृता निरूपित संस्कृता आश्रय
भगिनी संयोगनिष्ठसंसर्गता
संयोगनिष्ठसंस्कृता निरूपित संसर्गता संसर्गता निरूपित संस्कृता आश्रयः भूतलनिष्ठ विशेषता निरूपित विशेषता आश्रय ज्ञानम् इति विवरणं भवति. इदानीं यथा पूर्वम् अहं वयं दृष्टवन्तः विषयता तिस्रप्रकारः अस्ति. तस्य प्रकारता संस्कृता अपि विशेषता तयो मध्ये परस्परसम्बन्धम् अस्ति. तथैव विषयिता तयो तेषां मध्ये अपि परस्परसम्बन्धः अस्ति. अपि यदि विषयता अस्ति तस्य सत्सम्बन्धिक अर्थम् आगच्छति. तत् निरूप्य निरूपकभावः भवति. विषयता विषयिता संस्कृता संस्कृता विशेषता विशेष्यता तयो मध्ये अत्र दत्तमस्ति. आधार आधेयभावस्थले यथा आधेयता अधिकरणतरयो निरूपक निरूपकभाव यथा वयं दृष्टवन्तः यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणता आश्रय आसनं तथै निरूप्यक निरूपकभावः अस्ति. तथैव विषयता विषयितयो अपि ज्ञानं निरूप्यक निरूपकभावः अस्ति. अतः दीर्घवाक्यं भवति भूतलं घटवत्. यदि भूतलं घटवत्
भगिनि एकनिमिषः अस्तु. बहु समीचीनमासीत् भवती यदुक्तवती. भवती किम् उक्तवती अधुना? एकत्र यज्ञदत्तः तस्मिन् आधेयता यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणताश्रयम् आसनम् इति उक्तवती खलु. एवमेव मनसि एकं चित्रं कल्पयतु. विषयः इति अधोभागे वामभागे अस्ति. विषयः इत्यस्मिन् किमस्ति?
विषय तस्मिन् यत्र आधेयता अस्ति तत्र विषय घट अस्ति.
घटः इति विस्मरतु, विषयः इति. विषयः इत्यस्मिन्
विषय विषयता अस्ति.
ज्ञानम् इत्यस्मिन् किमस्ति?
ज्ञानं तस्मिन् अस्ति विषयिता.
इदानीं तद्वाक्यं रचयतु. विषयनिष्ठ
विषयता निरूपित विषयिता आश्रय ज्ञानम्
ज्ञानम् इति अस्ति. बहु समीचीनम् अस्ति भगिनि. विषयता कां निरूपयति?
विषयिता निरूपयति.
विषयितां निरूपयति इति आगतमेव. विषयिता विषयितयोः अपि किमस्ति?
निरूप्य निरूपकभावः तयोः मध्ये.
अस्तु समीचीनम्. अधुना विषयता अपि च विषयिता अनयोः मध्ये निरूप्य निरूपकभावः अस्ति इति जानीमः. भूतलं घटवत् इत्यत्र किं किम् इति अग्रे पठित्वा प्रतिपादयतु.
संयोग घटनिष्ठप्रकारता निरूपित प्रकारिता आश्रयः अत्र प्रकारिता आश्रय ज्ञानं न दत्तम् अस्ति. तदनन्तरं भवति संयोगनिष्ठसंस्कृता निरूपित संस्कृता आश्रयः तत् अस्ति. भूतल घटयो सम्बन्धः अस्ति संयोगसम्बन्ध. भूतलनिष्ठविशेषता निरूपित विशेषता आश्रय ज्ञानम् इति विवरणं भवति. सो तिस्र विषयता तेषां निरूप्य निरूपकभावः भवति. करस्पाण्डिङ्ग् किं भवति भगिनि? विषयता निरूप्यति विषयिता, संस्कृता निरूप्यति संस्कृता, विशेषता निरूप्यति विशेष्यता.
इति समीचीनमासीत्. एवं करोतु, घटनिष्ठप्रकारतानिरूपितप्रकारिता इत्यत्र
घटनिष्ठप्रकारतानिरूप्यति प्रकारिता आश्रयज्ञानं संस्कारता सम्बन्धनिष्ठसंस्कारता निरूप्यति संस्कृता आश्रयज्ञानं भूतलनिष्ठविशेषता निरूप्यति विशेष्यता आश्रयज्ञानं तत्र ज्ञानं समानम् अस्ति त्रयविशेषता विषयता निरूप्यति एकं ज्ञानम्
तिस्रः विषयताः इति वक्तव्यं स्त्रीलिङ्गपदं खलु
आमामां तिस्रविषयता निरूप्यति एकं ज्ञानं तत् ज्ञानं केवलम् एकवारं दत्तम् अस्ति अत्र
वस्तुतः ज्ञानं निरूपयति विषयताम् इति विषयता अपि ज्ञानं निरूपयति इति सत्यमेव परन्तु अत्र वार्ता का इति चेत् विषयता विषयितां निरूपयति हा प्रकारता इति कुत्र वर्तते
प्रकारता वर्तते घटे किन्तु तत् प्रकारिता निरूप्यति यत् ज्ञाने वर्तते
संसर्गता कुत्र वर्तते
संस्कारता वर्तते घटभूतलयो संयोग सम्बन्धे तत्र संस्कारता निरूप्यति संस्कारिता ज्ञाने संस्कारिता आश्रय ज्ञाने
संसर्गितां निरूपयति विशेष्यता कुत्र वर्तते
विशेषता भूतले वर्तते सुभूतलनिष्ठविशेषता निरूप्यति विशेष्यता आश्रय ज्ञानम्
वस्तुतः विशेष्यता निरूपयति विशेष्यताम् अपि च विशेष्यतायाः आश्रयः ज्ञानम् इति अस्तु समीचीनम्
अस्तु
हा सम्यक् भगिनि अत्र आश्रयः इति ज्ञानमेव प्रकारिता अपि च संसर्गिता अपि च विशेषिता त्रया तिसृणामपि आश्रयः ज्ञानम् इति आगच्छति तर्हि समानाधिकरण्यम् अस्ति इति तिसृणामपि बुद्धम् अग्रे भानुचैतन्यमहोदय प्रयत्नं करोतु एवमेव
भगिनि यदि वयं वदामः विषय अस्ति ज्ञानस्य कारणम् अस्तु
किमुक्तवती विषयः
घट अस्ति ज्ञानप्रत्यक्षस्य कारणम् अस्तु
घटः ज्ञानप्रत्यक्षस्य कारणमिति वा
निमित्तकारणमिति
भगिनि अहं वर्गस्य अनन्तरं पृच्छामि
प्रायः अस्तु कार्यकारणभावस्य विषये पृष्टवती खलु वर्गस्य विषयः
अनन्तरं
पृच्छामः
महोदय मम अपि एकं प्रश्नमस्ति किन्तु व्याकरणं तत् संसर्गता तत् संसर्गता वा संसर्गता वा भवति तु
संसर्गता अनुस्वारः खलु
आम् किन्तु तत् परः वर्णं तु सकारः अस्ति अनुनासिक अस्ति ततः तत्
परसवर्णः कः इति वा प्रश्नः
संसर्ग भवति तु संसर्ग वदति अतः नकारः कथं भवति तत्
स इति अनुस्वारस्य क्षम्यतां यदि उच्चारणं समीचीनं नास्ति चेत् नासिकया वायुः गच्छेत् इति संसर्गता इति नासिकया एव गन्तव्यं वायुः गन्तव्यः वायुः इति भाति अस्तु अग्रे महोदय भवान् प्रयत्नं करोतु एवमेव
घटः नीलरूपवान् इति ज्ञाने समवाय संसर्गमादाय भूतलं घटाभाववत् इति ज्ञानस्थले दैशिकविशेषणतासंसर्गमादाय चिन्त्यम्
अस्तु अत्र चिन्तनं कुर्मः अस्तु घटः नीलरूपवान् इति ज्ञानं
नूतनज्ञानम् इदानीं
यथा भूतलं घटवत् इति तद्वत् नीलरूपवान् घटः इति ज्ञानम् अस्तु. तत्र नीलरूपवान् घटः इत्यत्र विशेषणं किं, विशेष्यं किम्?
रूपवान् घटः, घटः तु विशेषणं, नीलं तु विशेष्यम्.
एकनिमिषः. भूतलं घटवत् इत्यत्र विशेषणं किं, विशेष्यं किम्?
भूतलं घटवत्,
घटवत् भूतलम् इति, भूतलं घटवत् इति मास्तु, घटवत् भूतलम् इति चिन्तयतु. अस्तु, घटवत् भूतलं, हा घटवत् भूतलम् इत्यत्र किं विशेषणं किं, विशेष्यं किम्?
घटवत् विशेषणं भूतलं, विशेषणं भूतलं.
मेहल महोदय सायं करोति वा?
किं प्रश्नमस्ति महोदय?
भूतलं घटवत् इत्यत्र विशेषणं किं, विशेष्यं किम्?
भूतलं घटवत्, भूतलमिति अविशेष्य विशेषणं घटवत्.
हा, विशेषणवाचकपदं घटवत्, अपि च घटः विशेषणं खलु वस्तुतः. तर्हि गते वदतु.
नीलरूपवान् इति विशेषणं, घटः तु विशेष्यं.
बहु समीचीनमस्ति महोदय. अधुना वदतु, घटे का नामिका प्रकारता अस्ति, नीलरूपे का नामिका प्रकारता अस्ति?
मया न बुद्धं प्रश्नं किं, किं समाधानम्?
अस्तु महोदय, अत्र वयं प्रकार विषयतात्रयम् इति चर्चितवन्तः खलु.
प्रकारिता, संसर्गिता, विशेषिता
इति विषयिता. अहं तु प्रकारता, संसर्गता, अपि च विशेष्यता विषये वदामि.
महोदय,
पूर्वस्मिन् पृष्ठे अधुना पठितम् आरम्भे एव. प्रकारता इति कुत्र वर्तते?
प्रकारता तु घटे वर्तते, नीलघटे,
नीलरूपे वर्तते.
नीलरूपे, नीलरूपघटन
प्रकारता विशेषणे वर्तते खलु?
आम् महोदय, आम्. प्रकारता
भूतलं घटवत् इत्यत्र घटः इति विशेषणं, विशेषणे प्रकारता नामिका विषयता आसीत्. भूतले विशेषिता नामिका आसीत् किल, तद्वदेव नीलरूपवान् इति विशेषणं. तर्हि नीलरूपे किं वर्तते?
नीलरूपे प्रकारता
वर्तते. समीचीनं, नीलरूपे प्रकारता. घटे?
घटे विशेष्यता,
विशेष्यता वर्तते. सम्यक्. अस्तु, अधुना सरला भगिनी यदुक्तवती, घटनिष्ठप्रकारतानिरूपितप्रकारिताश्रयः ज्ञानम् इति वाक्यम् आसीत् खलु, भूतलं घटवत्. अत्र किं वाक्यं भवति?
नीलरूपनिष्ठ निरूपित,
नीलरूपनिष्ठ किं निरूपित?
विशेष्यता
महोदय, नीलरूपे किम्
प्रकारता,
नीलरूपनिष्ठ प्रकारता निरूपित,
प्रकारता निरूपित विशेष्यता आश्रय घट
इति अपि सत्यम्, इति सत्यमेव, यतोहि वयं पूर्वमस्मिन् पृष्ठे दृष्टवन्तः विषयतानां मध्ये तादृशनिरूपकनिरूप्यभावः अस्ति इति दृष्टवन्तः खलु. सत्यमेव, परन्तु यथा घटनिष्ठप्रकारतानिरूपितप्रकारिताश्रयः ज्ञानम् इति उक्तवन्तः, तद्वद् नीलरूपनिष्ठप्रकारतानिरूपितप्रकारिताश्रयः ज्ञानम् इति साधु वा?
साधु, साधु महोदय.
हा, घटे किमस्ति?
घटे तु विषयता,
घटे तु विषयता अस्ति, किन्तु विषयतायाः नाम किम्?
Hmm.
विशेष्यता खलु
घटनिष्ठविशेष्यता निरूपित विशेषिता आश्रय ज्ञानं
बहु समीचीनम् इत्येव वार्ता तावदेव वक्तव्यं यतोहि विषयता विषयितां निरूपयति तर्हि मनसि का विषयता कां विषयितां निरूपयति इति भवेत् घटनिष्ठविशेष्यतानिरूपितविषयेष्यिताश्रयं ज्ञानम् अस्तु घटः अपि च नीलरूपः तयोः मध्ये कीदृशसम्बन्धः
संसर्गसम्बन्धः
न अग्रे पठतु संसर्ग इति समीचीनमेव किन्तु किम् एवमेव घटः नीलरूपवान् इत्यत्र किम् अग्रे पठतु
प्रकृतम् अनुसरामः
न महोदय अस्मिन्नेव परिच्छेदे घटः नीलरूपवान् इति ज्ञाने
समवाय संसर्गमादाय
तस्य अर्थः कः घटः अपि च नीलरूपं तयोः मध्ये कीदृशसम्बन्धः वर्तते
समवायसम्बन्धः
समवाय खलु भानुचैतन्यमहोदय
समान
अस्तु विद्या भगिनी स्मारयतु समवायसम्बन्धः कुत्र कुत्र वर्तते इति
समवायसम्बन्धः अत्र गुणगुणिनोः क्रियाक्रियावतोः अवयव अवयविनोः जातिव्यक्तियोः अपि च विशेष नित्य नित्यविशेषनित्यद्रव्ययोः
समवायः
समवायसम्बन्धः
इति कृत्वा घटः अपि च नीलरूपः तयोः मध्ये कः सम्बन्धः भगिनि
घटः इति द्रव्यं नीलरूपम् इति गुणः तर्हि अत्र घटः गुणी अस्ति गुणगुणिनोः सम्बन्धः समवायसम्बन्धः
समवायसम्बन्धः इति बुद्धं वा भानुचैतन्यमहोदय
बुद्धं ये पृथक् वस्तु नास्ति एकवस्तु एव तत्
न पदार्थद्वयमस्ति घटः अपि च नीलरूपम् इति गुणगुणिनोः समवायसम्बन्धः इति आगच्छति
महोदय
अस्तु तर्हि घटः नीलरूपवान् इत्यत्र संसर्गता कुत्र वर्तते
तयोः मध्ये गुणि गुणोः मध्ये एव सम्बन्धः
कः सम्बन्धः
यथा पूर्वं भवती उक्तवती समवायसम्बन्धः
समवायसम्बन्धे संसर्गता वर्तते खलु भूतलं घटवत् इत्यत्र संयोगसम्बन्धे संसर्गता वर्तते तद्वद् अत्र घटः नीलरूपवान् इत्यत्र समवायसम्बन्धे संसर्गता वर्तते अवगतं वा
आम् तत् संयोगसंसर्गम् एतत् समवायसंसर्ग
हा तर्हि समवायनिष्ठसंसर्गतानिरूपितसंसर्गिताश्रयः ज्ञानम् इति अपि साधु अवगतम्
किञ्चित् पुनरेकवारं वदतु
अस्तु मेहुलमहोदय तत्र भवान् प्रयत्नं करोति वा घटः नीलरूपवान् इत्यत्र किं कुत्र वर्तते इति
तत्र घटे विशेष्यता वर्तते समवायसम्बन्धे संसर्गता वर्तते अपि च नीलरूपे प्रकारता वर्तते
नीलरूपे प्रकारता वर्तते अस्तु अधुना वाक्यं रचयति चेत् कथं भवति
अत्र घटनिष्ठ विशेष्यता निरूपित विशेषिताश्रयः ज्ञानं
समीचीनं घटनिष्ठ विशेष्यता निरूपित विशेषिताश्रय ज्ञानम् अस्तु नीलरूपमादाय
तत्र समवायनिष्ठ नीलरूपमादाय नीलरूपनिष्ठ प्रकारता निरूपित प्रकाशाश्रयः ज्ञानम्
हा समीचीनं समवायमादाय
समवायनिष्ठ संसर्गता निरूपित संसर्गिताश्रयः ज्ञानम्
ज्ञानम् इति अस्ति भानुचैतन्यमहोदय बुद्धं
बुद्धं
अस्तु अधुना रविमहोदय, भूतलं घटाभाववत् इति ज्ञानस्थले किञ्चित् प्रयत्नं करोतु. भूतलं घटाभाववत् इत्यत्र विशेषणं किं, विशेष्यं किम्?
विशेषण घट, विशेष्य भूतल,
विशेष्यं भूतलम् इति वक्तव्यं.
विशेष्यं भूतलम्.
अस्तु,
विशेष्यं भूतलम्.
विशेषणं किं?
घट,
घटाभावः खलु,
घटाभावः.
तयोः मध्ये सम्बन्धः कः? अत्र पठतु अग्रे, भूतलं घटाभाववत् इति ज्ञानस्थले किं दत्तम्? महोदय, भूतलं घटाभाववत् इति ज्ञानस्थले, अग्रे पठतु महोदय.
भूतलं घटाभाववत् इति ज्ञानस्थले दैशिकविशेषणता संसर्गम् आदाय चिन्त्यम्.
चिन्त्यं, तस्य अर्थः कः? भूतलं घटाभाववत्, घटाभावः भूतले अस्ति इति वार्ता
इति ज्ञान, इति ज्ञानस्य विषयः अस्ति
इति ज्ञानमस्ति. तर्हि तयोः मध्ये सम्बन्धः कः? दैशिकविशेषणता इति तत्र सम्बन्धः. अस्तु, तर्हि अधुना सरला भगिनी किञ्चित् साहाय्यं करोतु. भूतलं घटाभाववत् इत्यत्र विशेषणं.
अस्तु, भूतलं घटाभाव, भूतलं भवति विशेष्यं, तस्मिन् अस्ति विशेषता, घटाभाव अस्ति तस्य विशेषणं. सो घटाभावे भवति प्रकारता, तयो मध्ये यः सम्बन्धः अस्ति, दैशिकविशेषणता वा स्वरूपसम्बन्ध, तस्मिन् अस्ति संस्कारता. इदानीं वयं वदामः, भूतलनिष्ठविशेषता निरूपितविशेषता आशयज्ञानं, दैशिकविशेषणता निष्ठ संस्कारता निरूप्यत संस्कृता आशयज्ञानं, घटाभावनिष्ठप्रकारता निरूपित प्रकारिता आश्रय ज्ञानं, भूतलं घटाभाव इति ज्ञानस्य आकारः अस्ति.
हा, बहु समीचीनमस्ति. संसर्गता निरूपित संसर्गिता, रेपः रकारः आदौ आगच्छति, संसर्गिताश्रय ज्ञानम् इति भवति. अस्तु,
अस्तु, क्षम्यताम् अहम् पठामि.
न न, चिन्ता नास्ति, स्पष्टमस्ति चेत् समीचीनम्. अस्तु, पुनः रविमहोदय, भूतलं कीदृशम् इति चेत् भूतलं घटाभाववत् इति वदामः खलु, अतः भूतलम् इति विशेष्यं. सुन्दरः बालकः इति वदामश्चेत् बालकः कीदृशः इति प्रश्नः आगच्छति. भूतलं घटाभाववत् इत्यत्रापि भूतलम् इति विशेष्यं, घटाभावः विशेषणं. बुद्धम्? यथा भगिनी उक्तवती, भूतले अस्ति विशेष्यता, घटाभावे नाम विशेषणे अस्ति प्रकारता, अपि च तयोः मध्ये यः संसर्गता सम्बन्धः अस्ति दैशिकविशेषणता, तस्मिन् संसर्गता इति अस्ति. अवगतं वा? अस्तु, सम्यक्, तर्हि अग्रे गच्छतु, प्रकृतम् अनुसरामः. अग्रे महोदय, पठतु महोदय कृपया.
प्रकृतम् अनुसरामः, सर्वोपि पदार्थः स्वस्मिन् तदात्म्यसम्बन्धेन भवति, तेन सम्बन्धेन नास्ति इति अभाव एव अन्योनभावः भेदः, स च चतुर्थः अभावः. तदात्म्यसम्बन्धस्य प्रतियोगिता उच्छेद छेदकत्वम् उपरिष्टात् साधिष्यते इत्यलम्
अस्तु, प्रायः अत्र अवगच्छति वा अथवा सहायम् अपेक्षितं किञ्चित्?
सर्वे पदार्थाः स्वस्मिन् तादात्म्यसम्बन्धेन एव वर्तन्ते. तेन सम्बन्धेन नास्ति अभावः एव अन्योनाभावः. तादात्म्यसम्बन्धेन नास्ति इति तत् अन्योनाभावः
अथवा भेदः इति वदामः. स च चतुर्थः अभावः. वस्तुतः यद्यपि वयं बहु किमपि अधीतवन्तः, अत्र मध्ये ज्ञानं तद्विषयता इति आगतम्, अपि च कार्यकारणभावः यत्किमपि आगतं, तत्सर्वम् अन्योन्याभावः इत्यस्मिन् भागे आगतं खलु एतत् सर्वं. हा, इति कृत्वा प्रकृतम् अनुसरामः इति अन्ते पुनः उक्तम्. एते सर्वे अपि पदार्थाः, सर्वोपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन तिष्ठति, अपि च तादात्म्यसम्बन्धेन अपरत्र नास्ति इति कृत्वा तस्य वस्तुनः अन्योन्याभावः भवति अपरत्र. स च चतुर्थः अभावः, अन्योन्याभावः अथवा भेदः इति उच्यते. अग्रे तादात्म्यसम्बन्धस्य प्रतियोगितावच्छेदकत्वम् उपरिष्टात् साधयिष्यते इत्यलम्. उपरिष्टात् इत्युक्ते अग्रे गत्वा, अग्रे गत्वा. विद्या भगिनी, प्रश्नः अस्ति वा?
अनन्तरम् इति वक्तुमिच्छति तावदेव.
अग्रे गत्वा साधयिष्यते उपरिष्टात् इत्यस्य तादृश अर्थः. अस्तु, तादात्म्यसम्बन्धः प्रतियोगितायाः अवच्छेदकं भवति कथम् इति अग्रे पश्येम. अस्तु, अधुना महोदय अन्ते वाक्यद्वयं पठित्वा समापयतु.
इति श्री गोडाकुल कुलाब्धि पूर्णेन्दु महामहोपाध्याय श्री सुब्रह्मण्य गुरुचरणान्ते अन्तेवासिनः देवदत्तस्य कृतौ तर्कसङ्ग्रह व्याख्यायां विद्याधरी संख्यकायाम् उद्देश्यग्रन्थः.
हा, नाम एतावता सप्तपदार्थानां परिचयः प्राप्तः, अपि च विद्याधरी संज्ञकायां व्याख्यायां तर्कसङ्ग्रहस्य व्याख्या विद्याधरी, तस्याम् उद्देशग्रन्थः नाम उद्देशभागः समाप्तः इति वदन्ति. अस्तु, अस्तु.
महोदय, उद्देश्यम् इत्युक्ते किं?
भवानेव वदतु, वयम् आरम्भे एव दृष्टवन्तः.
आरम्भे अहम्.
अस्तु, कः मेहला महोदय साहाय्यं करोति वा?
आं महोदय, तत्र विद्याधरी अपि च तर्कसङ्ग्रहग्रन्थे त्रयः भागाः सन्ति. तत्र प्रथमभागः अस्ति नामकरणम् अपि च उद्देशः इति नामनिर्देशः भागं, द्वितीयभागस्य नाम लक्षणः, अपि च तृतीयभागः अस्ति परीक्षा. अत्र तु उद्देशः अपि च लक्षणमिति द्वयोः भागयोः विवरणं दत्तमस्ति. अतः प्रथमभागे उद्देशः अस्ति, तत्र सर्वे पदार्थाः नामकरणं नामनिर्देशः भवन्ति. अतः तत्तु वयं प्रथम भागस्य पूर्ण अभ्यासं कृतवन्तः इदानीं.
बहु समीचीनमस्ति महोदय. अवगतं.
तर्कसङ्ग्रहः तु अन्नम्भट्टस्य, तत्तु किञ्चित् लघु एव. एतत्तु पूर्णव्याख्या अस्ति विद्याधरी.
विद्याधरी हा इति व्याख्या. अपि च मेहुलमहोदय यथा उक्तवान्, सर्वेषु ग्रन्थेषु उद्देशभागः, लक्षणभागः, परीक्षाभागः इति भागत्रयं वर्तते. अस्तु, विद्याधर्यां केवलम् उद्देशभागः अपि च लक्षणभागः इति. तर्हि परीक्षा नास्ति, एतावत् पर्यन्तं केवलम् उद्देशग्रन्थः समापितः इति.
अहो,
तर्कसङ्ग्रहे अपि भागद्वयं वर्तते.
सत्यं सत्यं सत्यम् इति, हा, परीक्षा प्रायः तत्रापि न स्यात् इति मन्ये. अस्तु, हा, अपि च उद्देशः इत्युक्ते महोदय नाम्ना निर्देशः इति. यतोहि अस्मिन् भागे उद्देशग्रन्थः इति एतावत्पर्यन्तं यत् पठितवन्तः तस्मिन् भागे तु नाम्ना निर्देशः जातः. सप्तपदार्थानाम्, अपि च द्रव्याणि कानि, अपि च चतुर्विंशतिगुणाः, पञ्चकर्माणि इत्यादिकं कृत्वा, खलु? केवलं नाम्ना पदार्थानां नाम्ना निर्देशः, अपि च सिद्धान्तानां परिचयः, तावदेव. लक्षणस्य विषये न उक्तम्. इतः अग्रे गत्वा लक्षणग्रन्थः आरभ्यते.
परिभाषा इति वक्तुं शक्नोति वा?
हा, परिभाषा अपि सत्यं महोदय, वक्तुं शक्यते. नामकरणम् अथवा परिभाषा, तावदेव.
आम्,
अस्तु. नवद्रव्याणि कानि, गुणाः के, एतत् सर्वम् उक्तम् इति. बुद्धं वा?
बुद्धं, बुद्धम्.
अस्तु, तर्हि हा, इतः अग्रे गत्वा लक्षणभागः आरभ्यते इति. विद्या भगिनी आरब्धुम् इच्छति?
आम् आं भगिनि. द्रव्यनिरूपणम्, अत्र लक्षणभागे द्रव्यनिरूपणम् उद्देशग्रन्थानुसारेण आदौ पृथ्वीं निरूपयति. तत्र गन्धवती पृथ्वी, सा द्विविधा, नित्यानित्या च. नित्या परमाणुरूपा, अनित्या कार्यरूपा, पुनस्त्रिविधा. शरीरेन्द्रियविषयभेदात् शरीरम् अस्मदादीनाम्, इन्द्रियं गन्धग्राहकं, ग्राणं नासाग्रवर्ति, विषयः मृत्पाषाणादिः इति.
एवम्
अग्रे पठामि वा?
सत्यम्. अत्र एवं रीत्या तर्कसङ्ग्रहे पृथिव्याः निरूपणं क्रियते, गन्धवती पृथ्वी इत्यादिकम् उक्त्वा. परन्तु अयं भागः लक्षणभागः इति कृत्वा प्रथमं लक्षणं किम् इति जानीमः. अस्तु, तदनन्तरं पुनः अत्र आगत्य परिशीलयामः. भगिनी अग्रे गच्छतु.
अस्तु, गन्धः लक्ष्यभूतायाः पृथ्व्याः लक्षणम् इत्युक्तं. तत्रादौ किं लक्ष्यम् इति निरूप्यते. जिज्ञासितः, ज्ञातुम् इष्टः कश्चित् पदार्थः लक्ष्यम् इति शास्त्रे व्यवह्रियते. तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं, गुणः इति वा प्रसिद्धः. यः लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात्. एवं लक्ष्यविजातीयाः ये तेषु मा भूत्, सः तल्लक्षणम् इति उच्यते. यथा केनचित् गौः ज्ञातव्या अस्ति, सा तर्हि जाता लक्ष्यम्. तस्याम् अस्ति सास्नापदार्थः, सः गोजातीयेषु गोत्वाश्रयेषु यावत्सु अवश्यं भवति. गोविजातीयेषु गोत्वाभावाश्रयेषु अश्वमहिष्यादिषु नैव अस्ति. तादृशं च सास्नापदार्थं दृष्ट्वा तद्वती या सा गौः इति वेत्ति.
अधुना किञ्चित् आरम्भतः खण्डशः.
अस्तु, हा, अस्तु. इदानीम् अत्र लक्षणग्रन्थे द्रव्यस्य निरूपणं, प्रथमतया द्रव्यम् इति पदार्थस्य निरूपणं. द्रव्ये वयं जानीमः तत्र प्रथमम् अस्ति पृथ्वी.
पृथ्वी तत्यजतु, तत्तु तर्कसङ्ग्रहस्य वाक्यमस्ति इति समीचीनमेव. परन्तु यं परिच्छेदं भवती पठितवती तस्य विषये वदतु, यतोहि तत्र लक्षणं किं, लक्ष्यं किम् इत्यादिकम् अस्ति. तत्सर्वं जानीमः इति.
अस्तु, गन्धः लक्ष्यभूताः पृथ्व्याः लक्षणम् इति उक्तम्. अत्र गन्धः एव पृथ्व्याः लक्षणं. गन्धः इति गुणः अस्ति पृथ्व्यां, तस्य पृथ्व्याः लक्षणमस्ति गन्धः पृथ्व्याः लक्षणम् इति. तत्र आदौ किं लक्ष्यम् इति निरूप्यते. तर्हि अत्र प्रथमतया लक्ष्यम् इत्युक्ते किम् इति तस्य वर्णनमस्ति. जिज्ञासितः, ज्ञातुम् इष्टः कश्चित् पदार्थः लक्ष्यम् इति शास्त्रे व्यवह्रियते. लक्ष्यम् इत्युक्ते यस्मिन् विषये वयं ज्ञातुम् इच्छामः तादृशपदार्थस्य नामकरणम् अस्ति लक्ष्यम्। तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः। इदानीम् अत्र यस्मिन् विषये वयं ज्ञातुम् इच्छामः तस्य नामकरणम् अस्ति लक्ष्यम्। तादृशलक्ष्ये विद्यमानः कश्चित् विलक्षणः इत्युक्ते विशिष्टः गुणः वैशिष्ट्यं गुणः इति वा लक्षणं। तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं गुणः। अस्तु, लक्ष्ये विद्यमानः विलक्षणपदार्थः तस्य नामकरणम् अस्ति गुणः इति खलु।
वस्तुतः तत्र विद्यमानः इत्युक्ते कुत्र विद्यमानः?
लक्ष्ये।
लक्ष्ये विद्यमानः कश्चित् विलक्षणपदार्थः, अस्तु, यः कोऽपि विलक्षणपदार्थः भवतु अथवा यत्किमपि वैशिष्ट्यं भवतु, सः पदार्थः गुणः अपि भवेत्, धर्मः अपि भवेत्, यत्किमपि किञ्चित् वैशिष्ट्यम्।
अस्तु अस्तु अस्तु, न केवलं गुणः इति, तदेव तत्रैव भ्रमः आसीत्। यः कोऽपि पदार्थः लक्ष्ये अस्ति विलक्षणपदार्थः, अस्तु अस्तु, यः लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात् एवं लक्ष्यविजातीयाः ये तेषु मा भूत् सः तल्लक्षणम् इति उच्यते। इदानीं लक्षणम् इत्युक्ते किम् इत्यस्मिन् विषये विवरणमस्ति। अत्र लक्ष्ये सदस्याः सन्ति, लक्ष्ये समानजातीयाः इत्युक्ते अत्र अत्र गौः इति अस्ति, अत्र तत्र गोषु सर्वत्र तादृशविलक्षणपदार्थः भवेत्, परन्तु अन्यत्र अलक्ष्येषु अन्यत्र तादृशविलक्षणपदार्थः न स्यात् इति, तादृशपदार्थः अथवा गुणः लक्षणं भवति।
हा हा, समीचीनं भगिनि। अत्र हा भवती यथा उदाहरणं दत्तवती गौः इति लक्ष्यं, गवां विषये ज्ञातुम् इच्छामः गौः इति लक्ष्यं, तर्हि गोसमानजातीयाः के के?
गोसमानजातीयाः
लक्ष्यम् इति गौः, अस्तु, गोसमानजातीयाः गवी का जातिः वर्तते?
गोत्वं।
गोत्वम् इति वर्तते, अस्तु, तर्हि गोत्वम् इति जातिः अन्यत्र कुत्र वर्तते?
गोत्वम् इति जाति केवलं गौः एव,
गौः एव इत्युक्ते सर्वासु गासु वर्तते,
सर्वासु
गोषु वर्तते इति कृत्वा, अतः लक्ष्यसमानजातीयाः नाम गोसमानजातीयाः, गोसमानजातिः तत्र समानजातिः गोत्वं, गोसमानजातीयाः इत्युक्ते सर्वाः गावः, तर्हि यावत्यः गावः सन्ति तेषु सर्वत्र किं स्यात्?
गोत्वं।
गोत्वम् अथवा किं वदामः अधुना, वैशिष्ट्यं, तद् वैशिष्ट्यं स्यात्
अत्र सास्नपदार्थः इति विशिष्टगुणः,
तदग्रे आगच्छति, परन्तु तल्लक्षणं, सत्यं, मेहुल
तल्लक्षणं,
तल्लक्षणं, यत्किमपि लक्षणम् इति स्वीकुर्मः तद् कुत्र स्यात्? लक्ष्यसमानजातीयाः यावन्तः, अथवा अत्र पृथ्वी इति स्वीकरोतु, पृथ्वी समानजातीयाः यावन्तः पदार्थाः तत्र सर्वत्र तद् वैशिष्ट्यं वर्तेत। अपि च किम् उक्तमस्ति? लक्ष्य विजातीयाः, हा, एवम्
एवं लक्ष्यविजातीयाः ये तेषु मा भूत् इति तद् लक्षणम्, इत्युक्ते केवलं लक्ष्ये एव तादृशविलक्षणपदार्थः भवेत्, अलक्ष्येषु इत्युक्ते लक्ष्यविजातीयाः इत्युक्ते यत्र गोत्वम् इति जातिः नास्ति तत्र लक्षणं न भवेत्,
लक्षणं न भवेत् अथवा तद् वैशिष्ट्यं न भवेत्, तदेव लक्षणं, तल्लक्षणम् इति उक्तं। तत्र कः सन्धिः?
तोर्ली इति,
हा, तोर्ली पूर्वसवर्णसन्धिः खलु,
पूर्वसवर्णसन्धिः,
हा हा, सत्यं, तत् प्लस् लक्षणं तल्लक्षणम्, एवमेव स्थूलाक्षरैः दत्तं, यतोहि अत्र पश्यन्तु लक्ष्या इति उक्तं खलु, तदपि स्थूलाक्षरे अस्ति प्रथमपरिच्छेदे. तल्लक्षणम् इति उक्तं, लक्षणम् इति पदमपि स्थूलाक्षरे अस्ति. इत्युक्ते मुख्यसिद्धान्ताः यत्र कुत्रापि आगच्छन्ति तद् स्थूलाक्षरे भवति इति. परन्तु स्थूलाक्षरैः भूत्वा इटालिसैज्ड् यदस्ति, तत्र गन्धवती पृथिवी सा द्विविधा इटालिक्स् अपि अस्ति चेत् तत्तु मूलग्रन्थः, तर्कसङ्ग्रहात् उद्धृतम् इति मूलग्रन्थस्य वाक्यानि इति चिन्तनीयम्. अस्तु अस्तु भगिनि, अग्रे गच्छतु तर्हि.
यथा केनचित् गौः ज्ञातव्या अस्ति, सा तर्हि जाता लक्ष्यम्. इदानीं वयं क्षम्यतां भगिनि, मम गौः विषये तत्र विभक्तिः भ्रमः भवति पुनः धेनुः इति स्वीकृत्य वदामि भगिनि. अत्र सा तर्हि अत्र धेनोः विषये यदि वयं ज्ञातुम् इच्छामः चेत् तर्हि धेनुः इति लक्ष्यम् अस्ति, तस्याम् अस्ति धेनौ अस्ति सास्नापदार्थः इति विशिष्टः गुणः. सः गोजातीयेषु गोत्व आश्रयेषु यावत्सु अवश्यं भवति. इत्युक्ते तत्र गोजातीयेषु इत्युक्ते यत्र यत्र गोत्वम् अस्ति गोत्व आश्रयेषु यावत्सु, तत्र सर्वत्र यत्र यत्र गोत्वम् अस्ति तत्र सर्वत्र सास्नापदार्थः इति विशिष्टपदार्थः अवश्यं भवति. गोविजातीयेषु गोत्व अभावाश्रयेषु, गोविजातीयेषु इत्युक्ते या इत्युक्ते अत्र महिषी अश्वः वा अन्यकमपि पशु अन्य कोऽपि पशु, तत्र गोत्वं नास्ति, गोत्व अभावः अस्ति, तत्र स्थासनापदार्थः इति विशिष्टगुणः न भवेत्, विशिष्टपदार्थः न भवेत् अश्वमहिषादिषु नैव अस्ति. तादृशं च सास्नापदार्थं दृष्ट्वा तद्वती या सा गौः इति वेति. इत्युक्ते यत्र यत्र कुत्रापि सास्नापदार्थः अस्ति, सास्नापदार्थं दृष्ट्वा वयं ज्ञातुं शक्नुमः सा गौः इति.
हा समीचीनं भगिनि. इत्युक्ते सास्ना इति कश्चन पदार्थः केवलं गोषु वर्तते, गोविजातीयेषु. अश्वम् अश्वः इति जानीमः, हार्स् इति, महिषी इत्यादिषु सास्ना इति पदार्थः न वर्तते. सास्ना इति फुट् नोट् अस्ति, किमस्ति इति भगिनि कृपया.
सास्नापदार्थः इत्यस्मिन् विषये गोः गलादो अधोभागे लम्बमानः मृदुः अवयवविशेषः इत्युक्ते धेनोः गलाद अधोभागे मृदु इत्युक्ते पशुविशेषः इति वक्तुं शक्नुमः खलु.
मृदुः इति तु जानाति,
मृदुः भागः अवयवः
हा. इत्युक्ते गवां कण्ठभागे तत्र एक त्वक् भवति, चर्मविशेषः भवति खलु, लूस् स्किन् इव भवति, अवयवविशेषः इति सास्ना पदार्थः इति. सास्ना इति यः पदार्थः सः केवलं गोषु वर्तते, गोभिन्नेषु न भवति, अथवा यत्र गोत्वम् इति नास्ति तत्र सास्नापि नास्ति इति कृत्वा सास्नापदार्थः गवां लक्षणम् इति वक्तुं शक्नुमः. अस्तु, कोऽपि प्रश्नः वा अत्र? नेवलामहोदय, भानुचैतन्यमहोदय, अस्तु. अत्र मा भूत् इति अस्ति, तत्र कः लकारः इति वदति वा?
लुङ् लकारः. अत्र तु मा भूत् इति अत्र लोट् इत्यस्मिन् अर्थे अस्ति खलु.
हा सत्यम्, इति प्रायः व्याकरणविषये व्याकरणवर्गे अपि अधीतं स्यात्. तत्र मा भूत् इति वस्तुतः लुङ् लकारः, अडागमः न भवति. अत्र एकं सूत्रमस्ति माङ्गी लुङ् इति, तेन मा इति अव्ययम् अस्ति खलु, तस्य योगे लुङ् लकारः भवति चेत् अकारः नास्ति इति. लोट् लकारस्य अर्थे अस्ति इति सत्यमेव भगिनि, प्रायः महोदयेन उक्तमपि स्यात् इति मन्ये. तस्य विषये एकं करपत्रं प्रेषयिष्यामि अनन्तरम्. अस्तु अस्तु, तर्हि लक्ष्यम् इत्युक्ते गोः भवतु अथवा पृथिवी भवतु जलं भवतु, यत्किमपि वयं ज्ञातुम् इच्छामः तद् लक्ष्यम्. लक्षणम् इत्युक्ते लक्ष्ये विद्यमानः अथवा विद्यमानं वैशिष्ट्यम् इति लक्षणम्. तादृशं वैशिष्ट्यं लक्ष्यभिन्नस्थले न भवेत्, लक्ष्यसमानजातीयाः यावन्तः तत्र सर्वत्र भवेत् इति नियमः अस्ति। अस्तु, इतः अग्रे गत्वा परिशीलयामः यत्किमपि लक्षणं लक्षणम् इति वक्तुं के के नियमाः भवन्ति इति। अस्तु, इतः अग्रे रविमहोदय पठति वा? न, रविमहोदयस्य मेहुलमहोदय अग्रे पठतु।
भगिनि, अत्र एकः प्रश्नः अस्ति, अत्र अधोभागे एकं चित्रम् अस्ति, तत्र गवेतर जगत् इति इत्युक्ते किं भगिनि? गवेतर जगत्
गो इतर गवेतर
इतर जगत्
गव गवि
इतर
गावः तदे तद् इतर गवेतर जगत् इत्युक्ते यत्किमपि भवतु, नाम प्रथमचित्रे अस्ति गावः इति, सर्वासु गोषु गोत्वम् इति यत्र यत्र अस्ति तत्र तत्र सासना इति अस्ति खलु, तद् पैचार्ट् इव अस्ति प्रथमचित्रं। द्वितीयचित्रं तु गवेतर जगत् इत्युक्ते यत्र यत्र गोत्वं नास्ति, महिषी अश्वः रासपः इत्युक्ते किं
रासपः
गर्दभः गर्दभेषु गोत्वं नास्ति, अश्वेषु गोत्वं नास्ति, महिषीषु गोत्वं नास्ति, घटः पटः मठः चटः व्याघ्रः सिंहः शशः उष्ट्रः इत्युक्ते उष्ट्रः इति केमल् अस्ति, शशः हेर् इति, सिंहः तु जानीमः, व्याघ्रः लयन् इति, तत्र तत्र यत्र यत्र गोत्वं नास्ति तत्र तत्र सास्ना इति पदार्थः अपि नास्ति इति प्रदर्शितं तावदेव।
मठः चटः इत्युक्ते किं भगिनि?
मठः इत्युक्ते हट् इति,
मठः चटः
चटः इत्युक्ते न द्रष्टव्यं,
प्रायः
कटः इति चिन्तयामि, कोऽपि जानाति वा चटः इत्युक्ते? एकनिमिषः दृष्ट्वा एव वदिष्यामि।
चिन्ता नास्ति भगिनि, अग्रे गच्छतु भगिनि।
नास्तु, मयापि ज्ञातव्यं चटः इत्युक्ते किमिति। अस्तु, प्रायः अनन्तरं दृष्ट्वा वदिष्यामि। यत्र कुत्रापि गोत्वं नास्ति तत्र तत्र सासना इति नास्ति इति। अस्तु, अस्तु, अग्रे मेहुला महोदय।
अस्तु, तथा च यत् सर्वेषु लक्ष्येषु भवति अलक्ष्येषु न भवति तल्लक्षणं, यः पदार्थः एवं विधो न भवति सः न लक्षणं किन्तु लक्षणाभासः। अत्र वयं दृष्टवन्तः सर्वे लक्ष्येषु यद् भवति परन्तु अलक्ष्येषु इतरपदार्थेषु तत् न भवति, एतत् तल्लक्षणम् इति वयं वक्तुं शक्नुमः। यः पदार्थः एवं विधो न भवति सः न लक्षणं किन्तु लक्षणाभासः। यत्र यत्र तल्लक्षणं वयम् एकम् उदाहरणं दृष्ट्वा पृथ्वी इत्यस्मिन् लक्षणः अस्ति गन्धः, यत्र यत्र तत् तत्तु लक्षणं तावत् लक्षणं नास्ति तत्र वयं वक्तुं शक्नुमः लक्षणाभासः, न लक्षणम् इति न परन्तु लक्षणाभासः इति वयं वक्तुं शक्नुमः।
एवं यः पदार्थः एवं विधो न भवति, एवं विधः इत्युक्ते
तत्र समानलक्षणः न भवति।
पूर्वस्मिन् वाक्ये किं पठितं? तथा च यत् सर्वेषु लक्ष्येषु भवति, अस्तु, लक्ष्यम् इति यद् मन्यामहे
अथवा
तस्मिन् यत् सर्वेषु लक्ष्येषु यः पदार्थः भवति अपि च अलक्ष्येषु यद् लक्ष्यं नास्ति तत्र न भवति तद् लक्षणम् इति, हा, अपि च यः कोऽपि पदार्थः एवं विधः न भवति, एवं विधः इत्युक्ते पूर्वस्मिन् वाक्ये लक्षणम् इत्युक्ते किम् इति उक्तं खलु, सर्वेषु लक्ष्येषु अलक्ष्येषु न, यः कोऽपि पदार्थः तादृशः नास्ति, यः कोऽपि पदार्थः तादृशः नास्ति सः न लक्षणम्। किन्तु किम्
लक्षणाभासः,
लक्षणाभासः आभासः इत्युक्ते
अभावः
किम्
अभावः
अभावः इति न आभासः इत्युक्ते भानं मम मम भाति इति भाति भाति इति वदामः खलु इत्युक्ते इट् अपियर्स् इति
किञ्चित् भ्रमः अस्ति अतः
लक्षणं प्रायः अधुना पश्यतु पृथिव्यां गन्धः अस्ति पृथिव्यां रूपमपि अस्ति खलु यदि वयं वदामः गन्धः पृथिव्याः लक्षणमिति अधुना पठितवन्तः किन्तु रूपं पृथिव्याः लक्षणमिति यदि वदामः तत्र सत्यं नास्ति किन्तु यदि वयं लक्षणरूपेण स्वीकुर्मश्चेत् तद् लक्षणाभासः एव जस्ट् एन् अपियरेन्स् आफ् लक्षण इति
अस्तु 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 एतत्तु प्रमुखलक्षणं नास्ति परन्तु वयं किञ्चित् दृष्ट्वा वयं लक्षणाभासः तत्र
लक्षणस्य भानं भवति लक्षणस्य भानम् प्रमुखलक्षणम् इति अपि न वक्तुं शक्नुमः लक्षणमिति एकमेव लक्षणम् इति इदानीं गवि एव चिन्तयतु गवि एतदस्ति खलु गवि नेत्रम् इति सास्नान नेत्रम् इति स्वीकरोतु नेत्रम् इति गवां लक्षणम् इति वदामि चेत् तत् सत्यं वा
न न सत्यं किमर्थमित्युक्ते तत्र विशेष नास्ति तत्र तत्तु नेत्रं सर्वे पशुः अस्ति तत्रापि नेत्रमस्ति किञ्चित् विशेषं नास्ति अतः
तर्हि नेत्रमिति लक्षणाभासः न तु लक्षणम् अवगच्छति इति वक्तुं शक्यम् अस्तु हा अग्रे भागत्रयं यद्विद्यते तत्तु लक्षणस्य परिभाषा कथम् आगच्छति नियमाः के लक्षणमिति वक्तुम् इति वयं वदामः यत् असाधारणधर्मः लक्षणम् लक्षणम् इत्युक्ते असाधारणधर्मः यथा सास्ना इति पदार्थः असाधारणधर्मः इत्युक्ते केवलं गोषु वर्तते अन्यत्र न वर्तते किन्तु असाधारणधर्मः इति वक्तुं केचन दोषाः न भवेयुः के दोषाः न भवेयुः इत्युक्ते अव्याप्ति अतिव्याप्ति असम्भवदोषाः न भवेयुः तत्र इति अस्तु असाधारणधर्मः लक्षणम् इति वदामश्चेत् तस्मिन् लक्षणे त्रयः दोषाः न भवेत् न भवेयुः अव्याप्तिदोषः अतिव्याप्तिदोषः असम्भवदोषः इति तर्हि अधुना अव्याप्ति अतिव्याप्ति असम्भवदोषविषये पठामः अस्तु महोदय अग्रे पठतु अव्याप्तिदोषः इति
अस्तु अव्याप्तिदोषः कश्चित् पदार्थः न सर्वेषु लक्ष्येषु वर्तते किन्तु केषुचिदेव सः अव्याप्तः इत्युच्यते यथा गोः श्वेतरूपं लक्षणम् इति केनचित् उक्तम् इदं च श्वेतरूपं गोजातीयायां श्वेतगवि एव वर्तते कृष्णगवि नास्ति इति तत्र अव्याप्तिरिति लक्षणदोषः भवति अत्र अव्याप्तिदोषस्य विवरणं दत्तमस्ति कश्चित् पदार्थः न सर्वेषु लक्ष्येषु वर्तते अत्र वयम् एकम् उदाहरणं स्वीकुर्मः चेत् गोः इति द्रक्ष्यामः चेत् तत्र सर्वे गोः मध्ये किञ्चित् पदार्थः न वर्तते किञ्चिदपि गोः मध्ये सः पदार्थः एतत् पदार्थः वर्तते तत्तु अव्याप्तः इति वयं वक्तुं शक्नुमः इति उच्यते अव्याप्तः अत्र एकम् उदाहरणं दत्तमस्ति गोः श्वेतरूपम् अस्ति इति वयं यदि लक्षणम् इति स्वीकुर्मः चेत् तत्र केनचित् गोः श्वेतरूपमस्ति परन्तु कृष्णगविः अपि अस्ति अतः कृष्णगविः नास्ति इति तत्र अव्याप्तिरिति लक्षणदोषः भवति तत्र वयं श्वेतरूपम् एवमेव लक्षणं स्वीकुर्मः चेत् अव्याप्तिदोषः इति भवति
किमर्थमित्युक्ते
सर्वे गोः श्वेतरूपमेव नास्ति तत्र रक्तरूपमपि कृष्णरूपमपि गोः मध्ये अस्ति, अतः
कृष्णगवि कृष्णगवि इत्युक्ते कृष्णधेनौ श्वेतरूपत्वम् अस्ति वा?
नास्ति नास्ति.
अनेन किम् आगच्छति? गोसमानजातीयाः तासु सर्वासु श्वेतरूपम् अस्ति वा?
नास्ति नास्ति.
नास्ति खलु. इति कृत्वा श्वेतरूपम् इति यः पदार्थः सः अव्याप्तः.
अव्याप्तः अपि च लक्षणाभासः इति वयं वक्तुं शक्नुमः वा?
अस्तु, यदि कोऽपि वदति श्वेतरूपं लक्षणं तर्हि तस्य भानमेव, इत्युक्ते पञ्चगां दृष्ट्वा श्वेतरूपं लक्षणम् इति वदति चेत् तस्य मनसि एतत् लक्षणाभासः, तदा कोऽपि वक्तुं शक्नोति कृष्णगवी श्वेतरूपत्वं नास्ति इति कृत्वा श्वेतरूपत्वम् अव्याप्तिदोषग्रस्तम् इति वदामः. अस्तु, तर्हि श्वेतरूपे कीदृशदोषः आगच्छति?
अव्याप्तिदोषः आगच्छति.
अव्याप्तिदोषः आगच्छति. अस्तु, चित्रे किं प्रदर्शितमस्ति महोदय?
चित्रे अष्ट उदाहरणानि, गोत्वं गोत्वस्य उदाहरणम् अस्ति. गोत्वं श्वेतरूपम् अपि च गौः श्वेतरूपम् अस्ति, अपि च रक्तरूपम् अपि च अस्ति, अत्र कृष्णरूपमपि अस्ति.
कृष्णरूपमपि अस्ति, परन्तु सर्वत्र किम् अस्ति?
सर्वत्र गोत्वमिति समानः अस्ति, परन्तु रूपं समानं नास्ति. गौः अपि धर्मः समानः अस्ति, परन्तु रूपं समानं नास्ति.
हा, गौः इति दत्तमिति चेत् तत्र गोत्वम् अस्ति, इत्युक्ते सर्वासु गोषु गोत्वम् अस्ति इति प्रदर्शितं, किन्तु सर्वासु गोषु श्वेतरूपम् अस्ति वा?
नास्ति नास्ति.
नास्ति इति एव वार्ता. लक्ष्य समानजातीयाः इत्युक्ते सर्वाः गावः, तासु श्वेतरूपं नास्ति इति कृत्वा श्वेतरूपम् श्वेतरूपम् इति अव्याप्तिदोषग्रस्तम्. अस्तु, श्वेतरूपे अव्याप्तिदोषः इति आगच्छति. बुद्धम्? अग्रे सरला भगिनी कृपया.
प्रकृते आहत्य अष्टौ गावः सन्ति, तासु सर्वासु गोत्वम् अस्ति. तत्र प्रथमा द्वितीया चतुर्थी षष्ठी च श्वेतरूपवती, परन्तु तृतीयायां पञ्चम्यां सप्तम्यासु अष्टम्यां च गवि श्वेतरूपं नास्ति. अतः गोत्ववत्सुः कासुचित् श्वेतरूपस्य अभावः वर्तते. अतः श्वेतरूपं न गोलक्षणं, किन्तु अव्याप्तिदोषग्रस्तं लक्षण आभासः. प्रकृते अत्र चित्रं दत्तम् अस्ति, तत्र भिन्न रूपाणि गावः निर्दिष्टमस्ति. श्वेतरूपं रक्तरूपम् अपि कृष्णरूपं सर्वासु गोगासु सर्वासु गोत्वम् अस्ति, गोत्वं जाति सर्वासु अस्ति. सो से सर्वे गावः सन्ति, किन्तु तेषां रूपं भिन्न भिन्न अस्ति. प्रथमा द्वितीया चतुर्थी षष्ठी चतुस्र गावः तेषां रूपं श्वेतम् अस्ति, किन्तु तृतीयां पञ्चाभ्यां सप्तम्यां षष्टम्यां न गवि. अन्य चतुस्र गावान् तेषां वर्णः भिन्नः अस्ति, कृष्ण वा रक्तं रूपम् अस्ति. अतः गोत्वं सर्वास् भगिनी किं रेकार्डिङ्ग् आगच्छति? सर्वासु गवासु
वदतु भगिनि.
गोत्वम् अस्ति किन्तु वर्ण समान नास्ति सर्वासु, अतः श्वेतरूपं लक्षणं न भवितुं शक्नोति लक्षणस्य, अतः अव्याप्तिदोष वयं वदामः, कारण कि तस्य आभास सर्वासु सर्वत्र गवासु नास्ति, अतः अव्याप्तिदोष यत्र लक्षणं कोऽपि यदि वयं गुणस्वीकुर्मः तत् सर्वासु लक्ष्ये नास्ति, तत् लक्षणं न भवितुं शक्नोति. सो अव्याप्तिदोष तस्य परिभाषा भवति लक्ष्येषु एकदेशवृत्तित्वं वा लक्ष्ये यत् सर्वत्र व्याप्त अस्ति तत् भवति.
अन्तिमवाक्यं पठतु.
अतः श्वेतरूपं न गोलक्षणं किन्तु अव्याप्तिदोषग्रस्तं लक्षण आभास. गो दृष्ट्वा वयं लक्षणस्य आभास भवति, भाति गौ अस्ति श्वेतरूपं दृष्ट्वा, किन्तु अव्याप्तिदोषग्रस्तम् अस्ति कारण कि सर्वासु गौः वर्णः श्वेतं नास्ति.
हा, श्वेतं नास्ति. अत्र गोत्ववत्सु इति उक्तं, तस्य पदस्य अर्थं किञ्चित् वदतु.
गोत्ववत्सु गोत्वं यस्मिन् गोत्वं यासु अस्ति.
सत्यं, गोत्वम् अस्य अस्मिन् वा इति गोत्ववत् इति मतु प्रत्ययः स्त्रीलिङ्गे गोत्ववती इति. हा, गोत्ववती का?
गोत्ववती गौ भवति,
गौः अथवा सर्वाः गावः गोत्ववत्यः. सप्तमी विभक्ति गोत्ववत्सु इत्युक्ते यत्र यत्र गोत्वं गोत्ववत्सु कासुचित् श्वेतरूपस्य अभावः इत्युक्ते यत्र यत्र गोत्वं तत्र तत्र श्वेतरूपम् इति नास्ति.
नास्ति
इति कृत्वा कीदृशदोषग्रस्तमस्ति श्वेतरूपम्?
अव्याप्तिदोषग्रस्तं भवति.
ग्रस्तम् इत्युक्ते भगिनि?
ग्रस्तम् इति तस्य ग्रहणं नास्ति तस्मिन् पदार्थे.
हा, तस्य ग्रहणं नास्ति इति अवगच्छामः, परन्तु ग्रस्त इत्युक्ते क्तान्तरूपं, पठित तद्वद्
अस्तु.
संश्लिष्टः, आक्रान्तः, अफ्लिक्टेड् इति वदामः खलु आङ्ग्लभाषायां. दोषग्रस्तम् इत्युक्ते दोषेण पीडितम् इति.
अस्तु.
अव्याप्तिदोषग्रस्तम्, अव्याप्तिदोषपीडितं किं? श्वेतरूपम्.
श्वेतरूपम्
यतोहि यत्र यत्र गोत्वं तत्र तत्र श्वेतरूपम् इति सत्यं नास्ति खलु.
आम्.
अतः एव लक्षणाभासः इति वदामः, इत्युक्ते लक्षणस्य आभासः एव, लक्षणं नास्ति.
नास्ति
इति एव चित्रे प्रदर्शितम्. अपि च भवती यद् उक्तवती किम् उक्तवती? लक्ष्य
एकदेशवृत्तित्वं वा लक्ष्ये सर्वत्र व्याप्तम्?
न भगिनि, लक्ष्य एकदेशवृत्तित्वम् इत्यस्य अर्थः कः? हा अस्तु, अहमेव किञ्चित् वदामि. लक्ष्य एकदेशवृत्तित्वम्, एकदेशः इत्युक्ते एकदेशः खलु.
आम्.
एकस्मिन् भागे वस्तुतः लक्ष्य एकदेश अवृत्तित्वम् इति वक्तव्यम्. अव्याप्तिदोषः इति प्रायः लिखन्तु सर्वे, लक्ष्यैकदेश अवृत्तित्वम्, समस्तपदं कृत्वा लक्ष्यैकदेशावृत्तित्वम् इति आगच्छति, सन्धिम् इत्यादिकं कृत्वा. इत्युक्ते लक्ष्ये एकदेश अवृत्तित्वं नाम श्वेतरूपम् इति कुत्रचिदेव अस्ति. अस्माकं लक्ष्यं किं? गावः. अस्तु, लक्ष्ये सर्वत्र श्वेतरूपं नास्ति इति कृत्वा श्वेतरूपस्य अवृत्तित्वं लक्ष्ये, लक्ष्ये एकदेश अवृत्तित्वम् इति अव्याप्तिदोषस्य परिभाषा इति वक्तुं शक्नुमः. लक्ष्यैकदेशावृत्तित्वम् इति. अवगच्छन्ति वा सर्वे? लक्षैकदेशव्याप्तम् इति न सरला भगिनि, लक्षैकदेश अवृत्तित्वम् अथवा लक्षैकदेशावृत्तित्वम् इति सवर्णदीर्घसन्धिः भवति मध्ये तत्र. अस्तु,
तर्हि लक्षैकदेशवृत्तित्वम् इत्युक्ते तत्र लक्षणम् इति भवति वा?
न, लक्षैकदेशवृत्तित्वम् इति वदति खलु भवती, न तु
वृत्तित्वं यत्र सर्वत्र व्याप्तम् अस्ति चेत् लक्षणं.
हा,
तत्र केवलं एकदेशवृत्तित्वं.
हा विद्याभगिनी, भवती यद्वदति लक्षैकदेशवृत्तित्वम् इत्युक्ते सः एव अर्थः, लक्ष्ये एकदेशे वर्तते इति. तद् लक्षणं नास्ति, लक्ष्यस्य एकदेशे वर्तते तावदेव.
ओ अस्तु, इदानीम् अत्र लक्षैकदेश आवृत्तित्वम् इत्युक्ते
अव्याप्तिदोषः.
अव्याप्तिदोषः,
अव्याप्तिदोषस्य परिभाषा लक्ष्य एकदेश आवृत्तित्वं, लक्ष्यैकदेशावृत्तित्वं.
तस्य अर्थः एकवारं वदतु भगिनि.
लक्ष्यैकदेशावृत्तित्वं, तत्र विभजनं कुर्मः चेत् लक्ष्ये इत्युक्ते सर्वासु गोषु एकदेश. चित्रं पश्यति चेत् एकस्मिन् देशे श्वेतरूपम् अस्ति, अपरस्मिन् देशे नास्ति, तर्हि एकदेश अवृत्तित्वं, लक्ष्यस्य एकदेशे न वर्तते.
अस्तु भगिनि, स्पष्टं, धन्यवादः. अस्तु,
लक्ष्यैकदेशावृत्तित्वम् इति अव्याप्तिदोषः.
महोदय, कुत्र दत्तमस्ति लक्षैकदेशावृत्तित्वम्? अत्र पुस्तके नास्ति,
नास्ति, कृपया लिखन्तु. महोदयेन उक्तमासीत् वर्गे अपि, तद् लक्षैकदेशावृत्तित्वम् इति. अस्तु, इति अव्याप्तिदोषः. तर्हि श्वेतरूपे अव्याप्तिदोषः, तद् लक्षणं नास्ति. लक्षणम् इत्युक्ते किम्? अव्याप्ति अतिव्याप्ति असम्भवदोषरहितम् दोषरहितः असाधारणधर्मः लक्षणम् इति. तर्हि श्वेतरूपे तु अव्याप्तिदोषः इति आगतः, तत्तु लक्षणं नास्ति. एतदपि नास्ति वाक्यं कुत्रचिदपि असाधारणधर्मः लक्षणम् इति, अथवा अव्याप्ति अतिव्याप्ति असम्भवदोषरहित असाधारणधर्मः लक्षणम् इति वदामः. अनेन अव्याप्तिदोषः अस्ति इति कृत्वा श्वेतरूपं गवां लक्षणं नास्ति. तर्हि लक्षणं किम् इति अग्रे गत्वा परिशीलनीयम्. अस्तु, अधुना अग्रिमदोषस्य विषये भानुचैतन्यमहोदय अग्रे पठति वा?
एकनिमिषम्. अतिव्याप्ति
अतिव्याप्ति इति दोषः,
अतिव्याप्तिर्दोषः. द्वितीयो दोषः अतिव्याप्तिः. एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति. यथा ओः शृङ्गं लक्षणमुक्तं चेत् तत् लक्ष्यासु ओषु वर्तते, तथैव अलक्ष्येषु अजादिषु अपि वर्तते.
पठतु महोदय, अधुना वदतु महोदय, प्रतिपादय.
अव्याप्तिदोषः पूर्वं दृष्टवान्, इदानीं तु अतिव्याप्तिदोषः. एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति. एतत् दोषः
अस्तु, प्रथमतया दोषः कुत्र भवति?
दोषः यत् प्रतिपाद्यते लक्षणं, तत् तद् लक्षणे भवति.
हा, बहु समीचीनं. हा, यं कमपि पदार्थं लक्षणम् इति स्वीकुर्मः, लक्षणं भवतु न वा इति अपरः विषयः, यं कमपि पदार्थं स्वीकुर्मः तस्मिन् दोषः अस्ति न वा इति परिशीलनं जायमानमस्ति. हा, अतिव्याप्तिः इति दोषः द्वितीयः. एषः दोषः कुत्र? तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति. तस्य अर्थः
यस्मिन् लक्षणं लक्ष्ये भवति तदपि एतत् सूचयति, अलक्ष्ये अपि सूचयति, अतः एतत् आभासः.
अस्माकं लक्ष्यं किम् अधुना?
गो.
तत्र गो
गोः इति अस्माकं लक्ष्यम्, अलक्ष्यम् इत्युक्ते
किमपि यत्किमपि गो नास्ति तत् सर्वम्
सत्यम्, अन्यत् सर्वम् अस्ति अलक्ष्यम् इति. अस्तु अग्रे पठतु महोदय.
गवेतरः यथा गोः शृङ्गं लक्षणम् उक्तं चेत् तत् लक्ष्यासु गोषु वर्तते, तथैव अलक्ष्येषु अजादिषु अपि वर्तते. यतः शृङ्गम् इति एकं लक्षणं स्वीकुर्मः चेत् गोः अपि शृङ्गं वर्तते, अतः अजः अपि शृङ्गं वर्तते, किन्तु अजः गोः न. अतः शृङ्गम् इति लक्षणं स्वीकुर्मः न
स्वीकर्तुं न शक्नुमः. शृङ्गं शृङ्गम् इत्युक्ते किं? शृङ्गः इति
शृङ्गः इत्युक्ते यथा उपरि द्वयं
खलु तद् शृङ्गम् इति. सत्यम्, अवयवविशेषः शृङ्गं. तद् लक्षणम् इति स्वीकुर्मः चेत् अजादिषु महि इत्युक्ते अजः इत्युक्ते गोट् इति तत्रापि वर्तते खलु?
आं तत्रापि वर्तते.
अस्तु इति कृत्वा शृङ्गं न केवलं लक्ष्ये वर्तते, परन्तु लक्ष्यभिन्नस्थले अपि वर्तते. लक्ष्यभिन्नः इति अजादयः तत्रापि वर्तते. अस्तु महोदय.
प्रकृतिचित्रे शृङ्गं यद्यपि सर्वासु गोषु वर्तते, परन्तु अलक्ष्ये अजादौ अपि वर्तते इति तत्र अतिव्याप्तिः दोषः भवति. अतः न इदं लक्षणं किन्तु लक्षणाभासः.
अस्तु
प्रकृतचित्रे इत्युक्ते किम्?
अग्रिमपृष्ठे एकं चित्रमस्ति.
अजः महिषः मृगः मेषः.
किञ्चित् वदतु चित्रे किमस्ति इति.
चित्रे तु गोः अस्ति, किन्तु अजः शृङ्गः कुत्र कुत्र अस्ति वर्तन्ते. अजः महिषि मृगः मेषः इति चत्वारि पशुः.
चत्वारः पशवः, तत्रापि शृङ्गम् इति वर्तते खलु?
आम् तत्रापि शृङ्गं वर्तते.
तत्र अलक्ष्यम् इति यत् प्रदर्शितं तत्र गोत्वम् अस्ति?
लक्ष्यं तु न, लक्ष्यं तु गोः एव. एतत् सर्वे तु अन्यमस्ति, इतरः अस्ति, अतः एतत् सर्वे अलक्ष्यम्.
अलक्ष्यम्
अजः महिषि
इत्युक्ते तत्र गोत्वं नास्ति. गोविजातीयः गोत्वजातिः नास्ति, गोविजातीयः. गोविजातीयेषु अपि एतद् वर्तते शृङ्गम्. किन्तु प्रथमचित्रे किमस्ति?
प्रथमचित्रे तु केवलं गावः एव अस्ति.
सन्ति, सत्यम्. अपि च सर्वासु गोषु किम् अस्ति तत्र? गोत्वमस्ति, शृङ्गमपि अस्ति खलु?
आम्
इति अतिव्याप्तिदोषः. इत्युक्ते लक्ष्ये तु वर्तते, परन्तु अलक्ष्ये अपि वर्तते इति अतिव्याप्तिदोषः. तत्तु न्यायभाषया एवं वदामः, लक्ष्येतरस्थले विद्यमानत्वम् इत्युक्ते अलक्ष्ये वृत्तित्वम्. अलक्ष्ये वृत्तित्वम् इति अतिव्याप्तिदोषः.
अलक्ष्ये वृत्तित्वम्,
हा, अलक्ष्यवृत्तित्वम् इति अतिव्याप्तिदोषः.
आं महोदय.
अस्तु तर्हि इदानीं वदतु महोदय, शृङ्गम् इति गोः लक्षणम् इति वक्तुं शक्यते वा?
न.
किमर्थं?
तत्तु अतिव्याप्तिदोषः भवति.
तथा वदामश्चेत् अतिव्याप्तिदोषः भवति. शृङ्गम् इति अतिव्याप्तिदोषग्रस्तं, यथा श्वेतरूपम् अव्याप्तिदोषग्रस्तं, शृङ्गम् इति अतिव्याप्तिदोषग्रस्तम्.
आम् अतिव्याप्तिदोषग्रस्तं
ग्रस्तम्
आं महोदय.
अस्तु
आम्
समीचीनं. तर्हि इतः अग्रे विद्या भगिनी असम्भवदृष्टः इति.
भगिनी क्षम्यतां, मया इदानीं गन्तव्यं भगिनि.
अस्तु तर्हि मेहला महोदय.
आं भगिनि.
दोषः, तृतीयो दोषः असम्भवः, यः धर्मः न कस्मिन् अपि लक्ष्ये भवति तस्मिन् आयाति, यथा केशराः सिंहजटाः गोः लक्षणम् इति उक्तम्। तत्र गोजातीयायां कस्यामपि गवि सः धर्मः नास्ति इति तस्मिन् असम्भवो दोषः। पूर्वोक्तशासनारूपधर्मः गवि वर्तते, अतः नासम्भवो दोषः, सर्वासु गोषु अस्ति इति नाव्याप्तिदोषः, एवम् अलक्ष्येषु अजमहिषादिषु न वर्तते इति न अतिव्याप्तिर्दोष इति निर्दिष्टं शासनावत्त्वं गोः लक्षणमिति उच्यते। अत्र तृतीयदोषः असम्भवदोषस्य विवरणम् अस्ति। असम्भवदोषः इत्युक्ते यः धर्मः न कस्मिन् अपि लक्ष्ये भवति तस्मिन् आयाति। अत्र एकम् उदाहरणं दत्तमस्ति, केशराः सिंहजटाः गोः लक्षणम् इति यदि वयम् उक्तवान् तर्हि तत्र गोजातीयां कुत्रापि वयं केशराः सिंहजटाः नास्ति, अतः तत्तु असम्भवदोषः। इत्युक्ते किमपि गोः मध्ये सिंहजटाः नास्ति, अतः तत्तु असम्भवः अस्ति, अतः असम्भवदोषः भवति।
सिंहजटाः इति जानीमः, सिंहस्य केशाः, अतः सिंहजटाः गोः लक्षणम् इति वक्तुं शक्यते वा?
न, न शक्यते वक्तुं वक्तामि यदि वयं तत् उक्तम् असम्भवदोषः भवति।
इत्युक्ते गोजातीयायां कस्यामपि सः धर्मः न भवति इति कृत्वा तत्र असम्भवदोषः अस्ति सिंहजटे। अस्तु, अग्रे पठतु महोदय।
पूर्वोक्तशासनारूपधर्मः गवि वर्तते, अतः नासम्भवो दोषः। अत्र वयं पूर्वे दृष्टवन्तः शासना इति एकम् अवयवः अस्ति गविः गोः मध्ये। तत्तु वयं जानीमः तत्र अस्ति शासनारूपधर्मः अस्ति, अतः शासनारूपधर्मः इति असम्भवदोषः नास्ति। सर्वासु गोषु अस्ति इति नाव्याप्तिदोषः, तत्तु सर्वासु गोषु मध्ये अस्ति, अतः तत्तु व्याप्तिदोषः अपि नास्ति। एवम् अलक्ष्येषु इत्युक्ते अजः अपि च महिषी इति सर्वे पशूनां मध्ये अपि शासनारूपधर्मः न वर्तते, अतः तत्तु अतिव्याप्तिर्दोषः इति अपि नास्ति, अतः शासनावत्त्वं गोः लक्षणम् इत्युक्ते गोः लक्षणं शासनावत् इति वयं वक्तुं शक्नुमः, तत्र कोऽपि दोषः न आगच्छति।
समीचीनम्। इत्युक्ते शासनावत्त्वम् अथवा शासनावत्त्वं गोः लक्षणम् इति वदामः चेत् तत्र शासनावत्त्वम् इति सर्वासु गोषु अस्ति इति कृत्वा न अतिव्याप्तिः, अजमहिषादिषु नास्ति इति कृत्वा तत्र अतिव्याप्तिः अपि नास्ति, असम्भवः तु नास्ति एव। तादृशलक्षणम् इत्युक्ते अव्याप्ति अतिव्याप्ति असम्भवदोषरहितः असाधारणधर्मः लक्षणम् एव, असाधारणधर्मः एव लक्षणम् इति वदामः। गवां तु सास्नावत्वम् इति लक्षणमस्ति। अपि च असम्भवदोषः इत्यस्य परिभाषा अस्ति लक्ष्यसामान्य अवृत्तित्वम्। लक्ष्यसामान्य अवृत्तित्वं, लक्ष्यसामान्याः के इति चेत् गावः खलु, गावः लक्ष्यसामान्याः, तेषु सिंहजटाः वर्तन्ते वा? तासु न वर्तन्ते। लक्ष्यसामान्याः यावत्यः गावः तासु सिंहजटाः न वर्तते इति कृत्वा लक्ष्यसामान्य अवृत्तित्वम् अस्ति सिंहजटानाम् इति कृत्वा असम्भवदोषस्य अयमेव परिभाषा अस्ति, लक्ष्यसामान्यावृत्तित्वम्। अव्याप्तिदोषस्य आसीत् लक्षैकदेशावृत्तित्वं, लक्षैकदेश अवृत्तित्वम्. अतिव्याप्तिदोषस्य आसीत् अलक्ष्यवृत्तित्वम् इत्युक्ते अलक्ष्येषु वृत्तित्वम्. असम्भवदोषस्य लक्ष्यसामान्य अवृत्तित्वम् इति तस्य परिभाषा. तर्हि दोषत्रयराहित्यं यत् तदेव लक्षणम् इति उच्यते. अस्तु अस्तु, अन्ततो गत्वा यद् आरब्धवन्तः लक्षणभागे, सरला भगिनी आदौ गन्धवती पृथ्वी इति अस्ति खलु, तद् पठतु अधुना.
गन्धवती पृथ्वी, सा द्विधा नित्या अनित्या च, नित्या परमाणुरूपा अनित्या कार्यरूपा, पुनः त्रिविधा शरीर इन्द्रियविषयभेदात् शरीरम् अस्मादिदानाम् इन्द्रियं गन्धग्राहकं प्राणनासाग्रवर्ती विषयो मृत्पाषाणादि इत्यः. तत्र गन्धवती पृथ्वी, पृथ्वी तस्य वैशिष्ट्य लक्षणं भवति गन्ध, अतः गन्धवती पृथ्वी तस्य लक्षणमस्ति गन्धं पृथ्व्याः. सा द्विधा नित्या अनित्या, पृथ्वी तस्य द्विप्रकारम् अस्ति, नित्या अनित्य. नित्य यदि परमाणुरूप अवयव कर्तुं परमाणुरूपतः तत्र नित्यं भवति, परमाणु तस्य चरमरूपं नास्ति, नित्य परमाणुरूपत्व. अनित्या कार्यरूपं, यदि पृथिव्यां कोऽपि नूतनं कार्यं भवति, यथा घटपटः वा उत्पीठिका इति कार्यरूपा, तत्र अनित्या, यत्कपि निर्माणं भवति तस्य नशमपि भवति, अतः अनित्या कार्यरूपा. पुनः त्रिविधा शरीर इन्द्रियविषयभेदात्, शरीर तस्य त्रयभागः अस्ति अस्माकं शरीरं, शरीरे अपि पृथ्वी अस्ति, शरीर इन्द्रियम् अपि विषयं. शरीरम् अस्माकं शरीरम्, इन्द्रियम् अस्ति घ्राण इन्द्रिय नासिका, तस्य अग्रं बाह अग्रं भागं नासिका सा अग्रभाग गन्धग्राहकम् अस्ति, मीन्स् गन्धस्य ग्रहणं करोति, अग्रभाग नासिकायाः गन्धस्य ग्रहणं करोति तस्य इन्द्रियं. विषय मृत्यु पाषाणादि, यदि मृत् अस्ति शिलाखण्डा इति तस्य विषयः भवति पृथिव्याः.
हा समीचीनं भगिनि, अस्तु तर्कसङ्ग्रहे एवम् अस्ति पृथिव्याः लक्षणं, गन्धवती पृथ्वी इति उक्त्वा पुनः सा द्विविधा नित्या अनित्या इति उक्तं. नित्या परमाणुरूपा इत्युक्ते परमाणवः नित्याः खलु, पार्थिवपरमाणवः नित्या पृथ्वी इति वक्तुं शक्यते, अपि च अनित्या घटपटादयः कार्यरूपा पृथिवी. पुनः त्रिविधा शरीरेन्द्रियविषयभेदात्, तस्य विषये इतोपि किञ्चित् परिशीलयामः अग्रिमवर्गे, शरीरम् इन्द्रियम् अपि च विषयः इति. पार्थिवशरीरं तु अस्माकं शरीरं, पार्थिवशरीरम् इति वदामः. गन्धग्राहकं ग्राणम् इति उक्तम्, अत्र वैशिष्ट्यमस्ति यत् नासाग्रवर्ती इति उक्तम्, इत्युक्ते नासिका इति इन्द्रियं नास्ति, नासिकायाः अग्रभागे घ्राणम् इति इन्द्रियमस्ति यद् गन्धं गृह्णाति. गन्धग्राहकम् इत्युक्ते गन्धविषयकं ज्ञानं जनयति, तादृशमस्ति इन्द्रियम्. अपि च विषयः इत्युक्ते मृत्पाषाणादिः, यत्किमपि अस्ति पार्थिवपदार्थाः, ते सर्वे शरीरम् अपि च इन्द्रियं विहाय पार्थिवविषयाः इति वदामः इति अस्ति एतावत्पर्यन्तं. तर्हि अद्यतनमूलविषयः आसीत् लक्षणम् इत्युक्ते किम्, असाधारणधर्मः लक्षणं, तस्य अर्थः कः, अव्याप्ति अतिव्याप्ति असम्भवदोषरहितत्वम् इति. तादृशपदार्थः गुणः भवतु अथवा सास्नावत्वम् इति धर्मः भवतु, तादृशविशिष्टपदार्थः अव्याप्य अतिव्याप्य असम्भवदोषरहितः पदार्थः एव लक्षणम् इति वदामः. कोऽपि प्रश्नः वा? अस्तु, प्रश्नः नास्ति चेत् अत्र स्थगयामः. धन्यवादः.
धन्यवादः भगिनि. शुभरात्रिः.
शुभरात्रिः.